Welcoming all of you to the Bhakti Sangha conference call. Today is very auspicious day, special days in so many ways. We are celebrating the advent of the most glorious scriptures of all times, the Bhagavad Gita. It is the date, the oldest, greatest and the latest technology that can graduate us eternal peace and happiness in this world. No other technology has ever and would ever come close to it. We are inviting people from all over the world, your friends and your families, to join us in reading this song of God. Please join us to read or simply listen in. All services are accepted by Lord Krishna with love. Please make sure you are on mute when the designated speaker are on the call. Otherwise, interference would lead to too much echo. Thank you for your cooperation and understanding. This auspicious Saturday is also Ekadasi Day and His Holiness Radhana Swami Maharaj Appearance Day as per English calendar. And the icing on the cake, making it sweeter than all, it is that it marks the second anniversary of our Bhakti Sangha group that seems to be growing like the Kalpavruksha and taking in its shelter more and more devotees, all with the common purpose to please and serve Krishna. Hare Krishna, I'll hand out the call to the Kamadiki Mataji. Hare Krishna Mataji. Hare Krishna Kamadiki Mataji.
I was talking on the mute. Hare Krishna, all the devotees, please accept my humble obeisances. All glories to Srila Prabhupada and all glories to Guru Maharaj. And thank you very much for giving me this opportunity to read the introduction. Om Ajnana Timirandasya Jnananjana Shalakaya Chakshurun Militam Yena Tasmai Shri Gurave Namam Shri Chaitanya Manobhistam Sthapitam yena bhutale Swayam rupa kadamayam Dadati svapadantikam Vandeham Shri Guru Shri Uttapada Kamalam Shri Gurun Vaishnavamsha Shri Rupam Sagajatam Sahagana Raghunathanvitam Tam Sajivam Sadvaitam Savadutam Parijana Sahitam Krishna Chaitanya Devam Shri Radha Krishna Padam Sagana Lalita Shri Vishakhanvitamscha He Krishna Karuna Sindhu Dinabandhu Jagatpade Gopesha Gopika Kanta Radha Kanta Namasute Tapta Kanchana Gaurangi Radhe Vrindavaneshwari Visvanu Sute Devi Pranamami Hari Priye Namam Vishnu Padaya Krishna Prasthaya Bhutale Srimate Bhakti Vedanta Swami Iti Namine Namaste Saraswate Deva Gauravani Pracharine Nirvishesha Shunyavadi Paschatya Deshatarine Vansha Kalpatarubhyascha Kripa Sindhubhya Evacha Patitanam Pavanebhyo Vaishnavibhyo Namo Nama Jai Shri Krishna Chaitanya Prabhu Nityananda Shri Advaita Gadadhar Shri Vasadi Gaur Bhakta Vrinda Hare Krishna Hare Krishna 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 Hare 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 Rama Hare Rama 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 Hare Hare. My Dandavat Pranam to all the devotees. Hare Krishna.
Atharva can start, Mataji.
Yeah. Srimad Bhagavad Gita Atha Pratamo Dhyayaha Dhritarashtra Uvacha Dharma Kshetre Kuru Kshetre Sabaveta Yutsavaha మమ కా పాండవాశ్చైవ కిమకూర్వత సంజయ సంజయ ఉవాచ దృష్ట్వా తు పాండవానీకం వ్యూఢం దుర్యోధనస్తదా ఆచార్యముపసంగమ్య రాజా వచన అబ్రవీత్ పరిష్ట్యానాం పాండుపుత్రాణాం ఆచార్య మహితీం చ మూం వ్యూఢం ద్రుపదపుత్రేణ తవ శిష్యేన ధీమతా అత్త సూరా మహేశ్వాస భీమార్జున సమాయుధి యుయుధానో విరాటశ్చ ద్రుపదశ్చ మహారథ ధృతకేతుశ్చ కీతాన కాశీరాజశ్చ వీర్యవాన్ పురుజిత్ కుంతి భోజశ్చ శైవశ్చ నరపుంగవ యుద్ధామనుశ్చ విక్రాత్ ఉత్తమౌజశ్చ వీర్యవాన్ సౌభద్ర ద్రౌపదేయశ్చ సర్వే ఏవ మహారథ అస్మాకం తు విశిష్టాయే సన్నిబోధ ద్విజ్యోతమ నాయకా మమ సైన్యస్య సమ్యార్థం తన్ బ్రవీమి మే భావన్ భీష్మశ్చ కర్ణశ్చ కృపశ్చ సమతిం జయః అష్టకర్ణశ్చ సౌమదస్తి తథైవ చ అన్యే చ బహవః స్థూరా వదర్థే త్యక్త జీవితః నానాశస్త్రాపహారాణ సర్వే యుద్ధ విశారద అపర్యాతం తదాస్మాకం బలం భీష్మ విరీక్షితం పార్యపాతం త్వీందమితేషాం పరం భీమాభిరక్షితం అయనేషు చ సర్వేషు భాగమవస్థితః భీష్మమేవాక్షర సంతు అవనంత సర్వైవ హి తస్య సంజయనం హర్షం కురు వృద్ధ పితామహ సింహానాదం వినోదస్తై శంఖం దదము ప్రతాపవాన్ తత శంఖశ్చ భీర్యశ్చ పనవాక గోముఖ సహసైవాభ్యహంతాయ సశదస్తు మూలోభవాత్ తత శ్వేతేర్హైర్యుక్తే మహతి సందేహే స్థితౌ మధ్వావ పాండవశ్చైవ దివ్యో శంఖో ప్రదామతు పాంచజన్యమృతిశేషో దేవదత్తం ధనంజయ సంఖ్యం భీమకర్మాధర
హరే కృష్ణ మాతాజీ
సీతాప్రీతి మాతాజీ
అనంతావిరయం రాజా కుంతిపుత్రో యుధిష్ఠిరః నకులాజః దేవశ్చ సుఘోషో మణిపుష్పకౌ కాశ్యశ్చ పరమేశశ్చ శ్రీఖండే చ మహారథే దృష్టద్యుమ్నో వితరశ్చ శాతకశ్చ పరాజితః ద్రుపదో ద్రుపదశ్చ ద్రౌపదేశ్చ సర్వేషో కృతవీపతే సుభద్రాశ చ మహాబాహో శంఖం దదాము తతక్ తతక్ సఘోషో ధృతరాష్ట్రాణాం హృదయానే విదారయాత్ నాభశ్చ పృథివీం చైవ తుమూలో యాన్మాదనం అథ వ్యవస్థితాను దృష్ట్వా దారదృష్టాని కపిధ్వజ ధాతరాష్ట్రాని కపిధ్వజ పర్వతే శాస్త్ర సంపతే ధనుర్ఉద్యమ పాండవ ఋషికేశానాం తదా వ్యాఖ్యాం इदम् अहं महीपते। अर्जुन उवाच सेनोरुभयोर्मध्ये रथं स्थापयाममच्छत यावत् एतं विकेशहं योधूकामम् अवस्थितम् कैर्मया सह योधानाम् अस्मिन् रणसमुद्यमे योत्साया माम् अवके अवेक्षा हं ये एतत्र समागता धार्तराष्ट्रा दुर्बुद्धिर्युद्धे प्रिय क्रियक्षिवा। सञ्जय उवाच एवं युक्तो ऋषिकेशो गुडाकेशान भारत सेन्योरुभयोर्मध्ये स्थापयति रथात्तमम् भीष्मद्रोणा प्रमुखता सर्वेषां च महीक्षितम् उवाच पार्थ पश्यतां समवेतां कुरुम् इति तत्र पश्चास्थितं पार्थ पित्राम् अथ पति पितामहान् आचार्यं मातुलं भृतान् पुत्रान् पौत्रां सखंस्तथा श्वशुरान् शुद्रश्चैव सेन्योरुभयोरपि तां समीक्षा च कौन्तेय सर्वं बन्धु अवाश्यकम् कृपया पारवेष्टो विसिदम् इदम् अब्रवीत्। अर्जुन उवाच दृष्टवीमं सह ज्ञानं कृष्ण युत्सं समुपाशितम् सिद्धान्ते मम कान्तानि मुखं च परिपाशते पाशति दीपस्तुषा शरीरे मे रोमहर्षे मे जायते गाण्डीवं समश्रुते हस्ते तत्त्वचैव पराधिये न च शक्नो मे अवस्थातुं ब्रह्मत्व च मे न समानः निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयो नु पश्यामि हत्वा स्वज्ञानम् अह न कांक्षे विजयां कृष्णा न च राज्यं सुखानि च किं नो राजेन गोविन्द किं भोगे जीवितान वै येषाम् अर्थ काङ्क्षितं नो राज्यं भोग सुखानि च ते इं वष्टिता युद्धे प्राणं त्यक्त्वा दानानि च आचार्य पितृपुत्र तथैव च पितामह मातुलः श्वशुरा पौत्र शाल्या सम्बन्धानि स्तत एतान्न हन्तनु इच्छामि गतन्तोऽस्ति मधुसूदन अपि त्रैलोक्यराजस हेतुं किं नो महि कृते न हि यात धार्तदृष्टानां कीर्ति स्वजनार्दनः। पापम् एव आस्मान् हद्वीतान् आततायान् तस्मान् नारहाव्यां हन्तुं धार्तराष्ट्रान् स बान्धवान् स्वजन हि कथं हत्वा सुखिनः श्याम माधव यद्यपते एति न पश्यन्ति लोभोपहत चेतसः कुलक्षया कृतं दोषं मित्रद्रोहे च पातकं कथं न ज्ञेय मनसंभि पापद् अस्मिन् निवर्तितम् कुलक्षय कृतं दोषं प्रपश्याभिरजनार्दन कुलक्षये प्रणश्यान्ति कुलधर्म सनातन धर्मे नष्टे कुलं कृच्छम् अधर्मो विविध्वय उत अधर्माभिभुवत्कृष्ण प्रादिशन्ति कुलस्त्रिया श्रीषु दृष्टाशु वार्ष्णेय जायते वर्णशङ्करा शङ्करो नरकैव इव कुलगानां कुलश्रय च कुलश्च पतामि पित्रो एषम् रुक्तपिण्डो देखक्रिया पिण्डोदकाक्रिया दोषैरेते कुलगानं वर्णशङ्करा शङ्कराकारके उत्सादान्ते जातिधर्मा कुलधर्मश्च शाश्वता उत्सानान् कुलधर्मानां मानुष्यानां जनार्दन नरके नियतं नियतं वासो भवतीत्यो अनुशुषमा अहो भाता महापापं कर्तुं व्यवस्थितौ व्ययं यद्राज्य सुखलोभेन हन्तुं स्वचन उद्यते उद्यदा यदि माम् अपरिकारम् अप्रतिकारम् अशस्त्रां शस्त्रपानया धार्तराष्ट्रारणे हन्यश् तन्मे क्षेमातरं भवेत् एवं युक्ता विराजना सञ्जयवाच एवं युक्ता जना शङ्खे रथोपस्था उपविशत् विश्राज्य सहसरं चापं शोक संविघ्न मानसा
ॐ श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः
अथ द्वितीयाध्यायः सञ्जया उवाच तन्त्रता कृपया दिष्टम् अस्य पूर्णाकलेक्षणम् सिद्धान्तमिदं वाक्यम् उवाच मधुसूदन श्रीभगवानुवाच कृतस्वाकस्मलम् इदम् विश्वमेतमुपस्थितम् अनायाचुष्टमस्वर्ग्यम् अकीर्तिकरमधुना स्लैव्यमस्माकमपर्ता नेतत्त्वा उपपाद्यते क्रुद्रम् हृदय दौर्बल्यम् त्यग्वोस्ता परन्तपः अर्जुन उवाच कथम् भीष्मम् अहम् सङ्ख्ये द्रोणम् च मधुसूदन इषु विपर्ति योच्यामि पूजार्ह वारिसूदन कुरुणत्वा इमहून् भवान् श्रेयो भुक्तम् भक्त्या सैपे लोके अद्वर्तकम् दास्तु गुरून् हैव पुञ्जीय भोगान् रुधिरा प्रतिगान् न च विद्मा कतरान्न गैरो यद्वा जये मे अधिवा न जेयु ज्ञानेव हस्ता न जिजीव समास् देवासि प्रमुखे धरतनस्त्र कर्पण्यदोषभाव प्रचामि सुन्दरमसमूदचेता यशयसनिर्जितं भूषितं मे शिष्यस्ति हं सधिमं त्वं प्रपानम् न हि प्रपश्यामि मम प्राण्युत्यात् यशोकनुशीर्णम् इन्द्रियाणम् अवाप्य भूमाम् असम्पास्मरेदम् रजं सुरनामपि च जपात्यम् सञ्जय उवाच एवम् उपरिके केशम् कृतम् केश परन्तपः न योच्यायेति गोविन्दम् उत्पथुषीणम् लोभिनात् तम् उवाच ऋषिकेश प्रहंसान् इव भारतः सेनयोरुभयो मादे सिद्धान्तमिदं वाक्यच्च श्रीभगवानुवाच अशोचानन्वशोचस्त्वं व्रजन्वं त्वं च वाससे गतासून् अगतासुंश्च न तु शोचन्ति पण्डितः न च एवं जातिनासं न त्वनेमे जनातिपः न चैव नापि वेश्यामायमपतं परम देहिनोऽस्मिन्यता देहे कौमारं यौवनन्तरा तथा देहान्तरा प्रप्तेरसतनमुयति माता स्पर्शस्य कौन्तेया शीतृष्णासु खलु कदा अगामपायिनो नित्या संस्थितिक्षस्वभारता यं हि न व्रायते ज्ञान्त्ये पुरुषं पुरुषर्वः समदुःखसुखं धीरं सोमृद्वाय कल्पते न सतो विद्यते भावो न भावो विद्यते सतः उभयोरपि दृष्णस्तद्वानाय स दर्शिभिः अविनाशी तु तद्विद्धि येन सर्वमिदं तथा येन समव्ययस्य न चेत् कर्तुम् अर्हति अन्तवन्त इमे देहा नित्यसोक्ता शरणिः अनाशिनो परेम्यस्य तस्मद्युदस्य सवर्ता येनं व्यतिहन्तरम् यश्चैन मन्यते हतम् उभौतो नयं हन्ति न हन्यते न जायन्ते मे त्यवचा जदचिन् नयं भुवता भवितवान् भूया अजो नित्यसत्वनया पुराणो न हन्यते हमानि शरीरे निवेदविनाशिनं नित्यं येन मजवाव्ययं कथं स पुरुषपर्ता कं गतं यतिहन्तिकं विशामि जिनानि यथा विहाय न वाणि जिनाति नरोपराणि यथा शरीराणि विहाय जिनानि अन्यानि स्मयति न वाणि देहि नैनं चिन्तति शस्त्राणि नैनं दहति पावकः न चैनं क्रीड्यतो पापो न शुष्यति मरुतः ये चेद्योयम् अदायेयोयम् एकवेद्यो शोष्य एव च नित्य सर्वगतस्य नो एकलोयं सनातनः अव्युक्तायम् अव्युक्तो यम् अचिन्त्योऽयम् अविकायोऽयम् उच्यते तस्मदेवं विदेव्यम् ननु शोचितुमर्हसि अथ चैनं नित्यजातं नित्यं वा मानसे मृतं तथापि त्वमहाबाहो नैनं शोचितुमर्हसि च तस्य हितवो मृत्युर्ध्रुवं जन्म मृतस्य च तस्मादपाय हारते नातुं शोचित्य अर्हसि अव्यक्तादीनि भूतानि व्यक्तमाद्यानि भारतः अव्यक्तानीतिनान्येव तत्र क परिदेवनः अशायवतशनि च कशरेणम् अशायवदति तद्वचन्य अशायवचैनमन्या शृणोति श्रुत्वापि नाम वेदना सेवकश्चेत् देहि नित्यमबद्धोऽयं देहे सर्वस्य भारतः तस्मात् सर्वाणि भूतानि नातुं शोचितुमर्हसि स्वधर्ममपि नाभिकापूतुम् अर्हसि तम्यादि युजशयोन्या क्षत्रियस्य न विद्यते यजया चोपपानं स्वर्गद्वारमपावृतं सुखी नक्षत्रिया पार्ता लभन्ते युद्धम् ईदृशम् अथ चेत् त्वम् इमं दम्यं सङ्ग्रामं न करिष्यसि ततः स्वधर्मं कीर्त्यं च हित्वा पापमवाप्यसि कीर्तिं चापि भूतानि कथयिष्यन्ति ते वयं सम्भवादस्य च कर्तर् मनरात् अस्ति चर्चते वायद्राणद् उपारत्तं मम शन्ति त्वमहर्ता यस्यं च त्वं बहुना मातो पुष्प यस्यसि राघवम् आगच्छ परं च बाहून् वेदशन्ति तवाहितः निन्दतस्तव सामर्थ्यं ततो दुःखतरं न किम्
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसि अहिम् तस्माद् उत्थिष्ठ कौन्तेय युद्धाय कृतनिश्चय सुखदुःखे समीकृत्वा लाभालाभौ जय जयौ ततो युद्धाय युज्वस्व नैवं पापम् अवप्स्यसि एषेति विहिता साङ्ख्ये बुद्धिर्योगे त्वयां शनु बुद्ध्या युक्तो यया पार्थ कर्माबन्धं प्रहस्यसि नेहाविक्रमनाशोऽसि प्रत्यावायो न विद्यते स्वाल्पमपि अस्य अधर्मस्य धर्मस्य सायते महतो भयान् व्यवसायात्मिका बुद्धि एकीहा कुरु नन्दना बहुशाखायिनन्तश्च बुद्धयो व्यवसायिनाम् यम् इमं पुष्पितं वाचं प्रवदन्ति अविपश्चिता वेदवादारता पार्था नान्यत् अस्तीति वादिना कामात्मना स्वर्गपरा जन्मकर्म फलप्रदं क्रियविशेषा बहुलां भोगेश्वर्य गतिं प्रति भोगेश्वर्य प्रसक्तानां ताय पार्था चेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते त्रैगुण्या विषया वेदा निस्त्रैगुण्यो भवार्जुना यद्वन्द्वो नित्यस्य स्वस्थो निर्योगाशीम आत्मवान् यावान् अर्था पुदापाने सर्वथा संप्लुतोदके तावान् सर्वेषु वेदेषु ब्रह्मणस्य विजानतः कर्माणि वाधिकारस्ते मा फलेषु कदाचन मा कर्मफलभेतुर्भुर्मा ते सङ्गोऽस्व अकर्मणि योगे सा कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्धि असिद्ध्यो न समो भूत्वा समात्म योगयुच्यते दूरे न हि अवरं कर्म बुद्धियोगा धनञ्जय बुद्धौ शरणम् अन्विच्य कृपणा फला हेतवा बुद्धियुक्तो जहातिहा उभे सुकृता दुष्कृते तस्माद् योगाय युज्वस्व योगा कर्मसु कौशलम् कर्माजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषना जन्मबन्धा विनिर्मुक्ता पदं गच्छन्ति अनाम्ययम् यदा ते मोहाकैलं कलिलं बुद्धिर्व्यतिचरिष्यति तदा ग्वन्तति निर्वेदां श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला समाधाव अशला बुद्धिस्तदा योगम् अवाप्स्यसि अर्जुन वाचा स्थिता प्रज्ञास्य का भाषा समधि सस्य केशवा स्थिताधि किं प्रभासिता किम् अशिता व्रजित किम् श्रीभगवानुवाच प्रजाहाति यदा कामं सर्वान् पार्था मनोगतान् आत्मने एवात्मना तुस्ता स्थिता प्रज्ञास्तदोच्यते दुःखे स्व अनुद्विग्नमना सुखे स्वविघ्नस्विपुः वीतरागा भया क्रोधा हिताधिर्मुनिरुच्यते या सर्वत्र नाभिस्नेहा सत्तत्प्राप्या शुभाशुभं नाभिन्दति नाद्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा संहर्ते चायं कूर्मोन्गणीव सर्वसा इन्द्रियाणि इन्द्रियाणि थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निरहारस्य देहिना रसवर्जं रसोऽपि अस्य परं दृष्ट्वा निवर्तति यततो हि अपि कौन्तेय पुरुषस्य विपश्चित इन्द्रियाणि प्रमथानि समाधीनि हरन्ति प्रसभं मनं तानि सर्वाणि संयम्य युक्तो आसितं मत्प्रर वासिमिः यसीन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ज्ञायतो विषयान् पुंस सङ्गस्तेषूपजायते सङ्गत् सञ्जयते काम कामत् क्रोधोऽभिजायते क्रोधाद् भवति सम्मोहा सम्मोहात् स्मृतिविभ्रमा स्मृतिभ्रंसाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषा विमुक्तेस्तु विषयान् इन्द्रियेच्चरन् आत्मविषये विधियेत्मा आत्मा प्रसादम् अधिगच्छति प्रसादे सर्वदुःखानां हानि अस्य पजायते प्रसन्ना चेतसो यसु बुद्धिपर्या पतिष्ठति नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतशान्तिरशान्तस्य कूटसुखम् इन्द्रियाणि इन्द्रियाणां चरतं यन्मनो विधीयते तदस्य हरति प्रज्ञां वायुर्नावम् इवाम्भसि तस्माद् यस्य महाभावो निगृहीतानि सर्वसा इन्द्रियाणि इन्द्रियाणि देव्यस्तस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानां तस्यं जागृति संयमी यस्यं जागृति भूतानि सानिशा पश्यतो मुने अपूर्यमानाम् अचला प्रतिष्ठं समुद्राम् अपप्रविशन्ति यद्वत् तद्वात् कामायं प्रविशन्ति सर्वे सशान्तिमाप्नोति न कामकामे विहाय कामाय सर्वान् कुम्मश्चरति निःस्पृहा निर्मानु निरङ्कार सशान्तिम् अधिगच्छति एष ब्राह्मी स्थिति पार्थ नैनं प्राप्य विमुह्यति स्थितिवास्यम् अन्तकालेऽपि ब्रह्मनिर्वनं रक्षति ॐ तत् इति श्रीमद्भगवद्गीतासु उपनिषदुषु ब्रह्मविद्यं योगो शास्त्रे श्रीकृष्ण अर्जुनसंवादे सङ्ख्ययोगो नाम द्वितीयो अध्याय
श्यामला गोपिका माताजी
कर्मयोग अतः तृतीयो अध्यायः अर्जुन उवाच ध्यायसि चेत् कर्मणस्ते मता बुद्धिर्जनासना सन्तिं कर्मणि घोरे मां नियोजयसि केशव व्यामिश्वेनेव वाकेन बुद्धिं मोहय शिव मे तत्येकं वद निश्चित्य येनो श्रेयो अहम् आप्नुयां श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा विष्टा पुरा प्रोक्ता मया नः ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोष्णुते न च सन्न्यसना एव सिद्धिं समधिगच्छति न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत् कार्यदेहि अवसकर्म सर्वप्रकृतिजयगुणै कर्मेन्द्रियाणि संयम्य य आसे मनसा स्मरन् इन्द्रियातान् विमोदात्मा मिथ्याचारः स उच्यते यस्व इन्द्रियाणि मनसा नियम्यारम्भते अर्जुना कर्मेन्द्रियैः कर्मयोगम् अशक्तः स विशिष्यते नियतं कुरु कर्म त्वं अर्मज्यायो हि अकर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येत् अकर्मणः यज्ञातात् कर्मणो यत्र लोकयं कर्म बन्धनः तत् अर्थं कर्म कौन्तेय मुक्तसङ्गसमाचरा सह यज्ञा प्रजा दृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वं येषु स्व इष्टकामधो देवान् भावयतानेन देवा भावयन्तु वः परस्परं भावयन्तः श्रेयपरम् अवाप्स्यथा इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभावितः तैर्दतान् अप्रधायभ्यो यो भुङ्क्ते तेन एव शः यज्ञासिस्ताशिनः सन्तो मुच्यन्ते शर्वगिल्विषैः मुञ्चते ते त्व अघं पापा ये पचन्ति आत्मकारणात् अन्नात् भवन्ति भूतानि पर्जन्यात् अन्नसम्भवः यज्ञात् भवति पर्जन्यो यज्ञकर्म समुद्भवः कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रं नानुवर्तयात् यतिह यः अभायुरिन्द्रिया रामो मोघं पात स जीवति यस्त्व आत्मरतिरेव स्यात् आत्मतृप्तश्च मानवः आत्मनि एव च सन्तुष्टस्तस्य कार्यं न विद्यते नैव तस्य कृते नातो न कृतेनेह कश्चन न चास्य सर्वभूतेषु कश्चित् अर्थव्यभाश्रयः तस्मात् असक्तः सततं कार्यं कर्म समाचर अशक्तो हि आचरन् कर्म परम् आप्नोति पुरुषः कर्मणैव हि संसिद्धिम् आसिता जनकादयः लोकसङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि
माताजी
थैंक यू यद् यद् आचरति श्रेष्ठस्तत्तत् एव तरो जना सा यत् प्रमाणं कुरुते लोकास्तत् अनुवर्तन्ते नमे प्रथस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानावक्तम् अभ्यप्तव्यं मृत एव च कर्मणि यदि हे अहं न वर्तव्यं जातु कर्मण्ये अतन्द्रितः मामा वर्तमानुवर्तन्ते मनुष्या पार्थ सर्वतः उत्सीदेयुरिमे लोका न कर्म चेदहं शङ्करस्य च कृतस्यम् उपहन्यम् इमं प्रजः सक्तकर्मण्ये अविधवांसो यथा कुर्वन्ति भारत कुर्यद्विधवांस तथा सक्ता चिकीर्षु लोकसङ्ग्रहम् न बुद्धिवेदहं जनयदज्ञानं कर्मसङ्गिनं जोषयत् सर्वकर्माणि विद्वानुक्त समाचरन् प्रकृति क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमुदात्मा कर्तहम् इति मन्यते तत्त्वावित्तु महाभावो गुणकर्म विभागयो गुणागुणेषु वर्तन्त इति मत्वा न सज्जते प्रकृतिगुणम् असमुद्वा सजन्ते गुणकर्मसु तान् अकृष्णविदो मध्यान् कृष्णविधा भिन्ना विचल्येत् महि सर्वाणि कर्माणि संन्यासधात्मचेतसा निराशिर्निर्माणो भूत्वा युधस्वविगतज्वरः मे मतम् इदं नित्यम् अनुतिष्ठान्ति मानवा श्रद्धावान्तो अनुष्यन्तो मुष्यन्ते अपि कर्मभिः। एतत् अभ्यासुयन्तो नानुतिष्ठान्ति मे मतं सर्वज्ञानाभिमूढांस्तान् विद्धि नष्टन् अचेतसः। सदस्रं चेतस्ते सभ्यस्य प्रकृतिर्ज्ञानवानपि प्रकृतिं यान्ति भूतानि निर्गः किं करिष्यति। इन्द्रियस्य ते रागद्वेषु व्यवस्थितौ तयोर्नावशम् अगच्छेत् तौ यस्य परिपन्थिनौ। श्रेयं स्वधर्मो विगुणा परधर्म स्व अनुष्ठिता स्वधर्मे निधनं श्रेया परो धर्मो भवाभिः। अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पुरुष अनिच्छम् अपि वर्षण्या बलादिह नियोजितः। श्रीभगवान् उवाच कामये स क्रोधये स रजुगुणसमुद्भव महासनो महापाप्मा विद्येनामिह वैरिणाम्। धूमेन विर्यते वनीर्यथा दृशो मलेन स यथुल्वेनावृतो गर्वस् तथा तेनेदम् आवृतम्। आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरणालेन च। इन्द्रियाणि मनोबुद्धिर्यस्यादिष्ठानं युच्यते एतद्विमोहत्य एष ज्ञानम् आवृतदेहिनाम्। तस्मात् त्वमिन्द्रियन्यादौ नियमा भारत सर्व पाप्मानं प्रजहि हे एनं ज्ञानविज्ञाननाशनम्। इन्द्रियाणि परन् आहुरिन्द्रियभ्य परं मनः मनस्तु परः बुद्धिर्ये बुद्ध्य परस्तस्तु स। एवं बुद्धि परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना जहि शत्रुं महाभावो कामरूपं दुरासदम्।
अतः चतुर्थाध्यायः
श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः।
अतः चतुर्थाध्याय ज्ञानकर्मसंन्यासयोगः। श्रीभगवान् उवाच इमं विवस्वते योगं प्रोक्तावाम् अहम् अव्ययं विवस्वान् मनवे प्राह मनो इक्षके अभ्रवत् एवं परम्परा प्राप्तम् इमं राजर्षो विदु सकालेन महाता योगो नष्टा परन्तपः। सा एवं महत्यत्या योगा प्रोक्ता पुरातनः भक्तोऽस्मि सखा चेति रहस्यम् इति हि एतत् उत्तमम्। अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः कथम् एतत् विज्ञानं त्वम् आदौ प्रोक्तवान् इति। श्रीभगवान् उवाच बहूनि मे व्यतीतानि जन्मानि तावच अर्जुन तानि अहं वेद सर्वाणि न त्वं वेता परन्तपः। अजोऽपि सन् अव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं सम् अधिष्ठाय सम्भवामि आत्ममयया। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहम्। परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवानि युगे युगे। जन्म कर्म च मे दिव्यम् ओं एवं योगेति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति स्वर्जुन। वीतरागाभयक्रोधामन्मया मामुपाश्रितः भवो ज्ञानतपसा भूता मद्भावम् आगतः ये यथा मां प्रपद्यन्ते तां तथैव भजाम्यहं मम वर्तमानुवर्तन्ते मानुष्यपार्थ सर्वशः कांक्षन्ताः कर्माणां सिद्धिं यजन्त एव देवतः शीघ्रं हि मानुष्यलोके सिद्धिर्भवति कर्मजा चातुर्वर्ण्यं महासृष्टं गुणकर्म विभागशः तस्य कर्तारम् अपि मां विद्धि अकर्तरम् अभयं नामं कर्माणि लिम्पन्ति नामे कर्म फले स्पृहा इति मां सोऽपि जानाति कर्मभिर्ना स बध्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मत्त्वं पूर्वैः पूर्वकर्मतरं कृतम् किं कर्म किम् अकर्मेति कव्यो अपि अत्र मोहिता तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभात् कर्माणो हि अपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणश्च बोद्धव्यं गहनकर्मणो गतिः कर्माणि अकर्म यत् पश्यत् अकर्मणि च कर्म यः स बुद्धिमान् मनुष्येषु स युक्ता कृत्स्नकर्मकृत् यस्य सर्वे समारम्भ कामसङ्कल्पवर्जितः ज्ञानाग्निदत्तकर्माणां तम् अहो पण्डितबुधः त्यक्त्वा कर्म फलसङ्गं नित्यो तृप्तो निराश्रयः कर्माणि अभिप्रवृत्तपि नैव किञ्चित् करोति सः निरासीर्यत चित्तात्मा त्यक्त्वा सर्वा परिग्रहा शरीरं केवलं कर्म कुर्वन्नाप्नोति किल विषम् यद्रच्छालापसन्तुष्टो द्वन्द्वितो विमत्सरः समासिद्धवसिद्धौ च कृत्वापि न निबध्यते गातासङ्गस्य मुक्तस्य जागृष्टा वसिष्ठचेतसः ज्ञानयाचरता कर्म समग्रं प्रविलीयते ब्रह्मान् परं ब्रह्म हविर्ब्रह्मग्नौ ब्रह्महूतं ब्रह्मैव तेव गन्तव्यं ब्रह्मकर्म समाधिना दैवमेवापरे यज्ञं योगिना परुपासते ब्रह्माग्नि आपरे यज्ञं यज्ञावि पूजवति श्रोतादीनिन्द्रियन् अन्ये सैमाग्निषु जुहति शब्दादीन् विषयन् अन्य इन्द्रियाग्निषु जुह्वति सर्व इन्द्रियाणि इन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयामयोगननु जुह्वति ज्ञानदीपिके द्रव्ययज्ञस्तपोयज्ञयोगयज्ञस्तथापरे स्वध्याययज्ञज्ञानयज्ञश्च यता संसितावृतः आपणे जुह्वति प्राणम् प्राणे आपणं तथा परे प्राणपानगतिरुद्वा प्राणायामापरायणः आपरे निहतर प्राणं प्राणेषु जुह्वति सर्वे अपि इति यज्ञविदो यज्ञाक्षपितकल्मषः यज्ञाशीषामृतभुजो यान्ति ब्रह्म सनातनं नयनं लोकोऽस्ति अज्ञस्य कुतो अन्यः कुरु सत्मा एवं बहुविधियज्ञविदता ब्रह्मणो मुखे कर्मजान् विधि तन् सर्वम् एवं ज्ञात्वा विमोक्ष्यसे श्रेयान् द्रव्यमयज्ञात् ज्ञानयज्ञान् परं तप सर्वकर्माखिलं पाठ ज्ञाने परिसामपेत्यते तद्विधि प्राणिपातेन परिपश्येन सेवया उपदेक्षन्ति ते ज्ञानं ज्ञानिन तत्त्वदर्शिन यच्चात्मान पुनर्मोहम् एवं यास्यसि पाण्डव येन भूतानि अशेषानि रक्षसि आत्मनि अतो महि अपि चेत् असि पापेभ्य सर्वेभ्य पापकृत्तमः सर्वं ज्ञानप्लेनेभ्य नैव वृजिनां सान्तरिष्यसि यथा इदं समिद्धिग्निर्भस्मा सत्कुरुते जुना ज्ञानाग्नि सर्वकर्माणि भस्मा सत्कुरुते ततः नाहि ज्ञानेन सदृशं पवित्रम् इह विदत् विद्यते तत् स्वयं योग संसिद्धा कालेत् मानि विन्दति श्रद्धावान् लभते ज्ञानं तत्परः सम्यकेन्द्रियः ज्ञानं लब्ध्वा परं शान्तिम् अचिरेन्दाधिगच्छति अज्ञाश्च श्रद्धाधानश्च संस्यात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संस्यात्मनः योगासन्न्यासकर्मानां ज्ञानसञ्चिन्न संशयम् आत्मवानां न कर्माणि निबध्नन्ति ध्यानजय तस्मादज्ञासम्भूतां विदितं ज्ञानिनां मनः चित्वैनं संशयं योगम् आतिष्ठतिष्ठ भारतः ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यानियोगशास्त्रे श्रीकृष्ण अर्जुन संवादे ज्ञानकर्म संन्यास योग नाम चतुर्थो अध्यायः।
पञ्चम अध्याय कर्म संन्यास योग। अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च संशसि यश्रेयस्येतयोरेकं तन्मे ब्रूहि सुनिश्चितम्। श्रीभगवान् उवाच संन्यास कर्मयोगश्च निःश्रेयस् करौ उभौ तयोस्तु कर्मसन्न्यासत् कर्मयोगो विशिष्यते। येन स नित्यसन्न्यासी योगो यो न द्वेष्टि न काङ्क्षति निद्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते। सांख्ययोगो पृथग् बाला प्रवर्तन्ति न पण्डिता एकप्या अस्त्येता संज्ञा उभयोर्विन्दते फलम्। यत्संख्यास्थानं तद्योगैरपि गम्यते एकं संख्यं च योगं च ये पश्यति स पश्यति। संन्यासस्तु महाबाहो दुःखम् आप्तु अयोगता योगयुक्तो मुनिर्ब्रह्मा नचिरन् अजिगच्छति। योगयुक्तो विसूदात्मा विजितात्मा जितेन्द्रियाय सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव कच्चित् करोमोति युक्तो मन्यते तत्त्ववित्। पश्यन् शृण्वन् स्पृशन् गृहन् अश्यन् गच्छन् स्वपन् स्वसन् प्रलापान् विसीर्जन् गृहणन् निमिषन् निस्मि अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तये इति धारयन् भ्रम्यन् अद्य कर्माणि सङ्गं त्यक्त्वा करोति या लिप्येत् न पापेन पद्मपत्रम् इमाम्बसि। एना मनस्बुद्ध्या कलेवर इन्द्रियार् आपि योगिना कर्म कुर्वन्ति सङ्गं त्यक्त्वा शुद्धये। युक्तकर्मफलं त्यक्त्वा स्थान् शान्तिम् आप्नोति नैस्तिकीम् अयुक्त कामकारेण फले सक्तो निबध्यते। सर्वकर्माणि मनसा सङ्ख्या संन्यास्येत् सुखं वसि नवद्वारि पुरे देहि नैव कुर्वन् न कार्यन् न कर्वतम न कर्माणि लोकसृजति प्रभुः न कर्मफलसंयोगं स्वभास्यातु प्रवर्तते नदाते कश्चित् पाप न चैव सुकृत विभुः अञ्जाने निर्वतं ज्ञानं तेन मुह्यन्ति ज्ञानेन तु तद् अज्ञानं येषां निष्ठाम् आत्मनः तेषाम् अध्याति ज्ञानं प्रत्यक्षति तत्परं तद्बुद्ध्यासि तद् आत्मना तेन निश्यस्तत्प्रयस्यन् गच्छन्त्य पुनरावृतं ज्ञाननिर्दूत अकल्मः स विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि सुनीचैव स्वपाके च पण्डितः समदर्शिनः एहस्तैर्जितस्तर्गो येषां समीस्थितं मनः निर्दोषं हि समां ब्रह्मा तस्माद् ब्रह्मेणिति स्थिताः न प्रयस्ते प्रियं प्राप्य नो द्विजते प्राप्य च प्रियं स्थितैर्बुद्धिरस्मुद्ये ब्रह्मविद्ब्रह्मणि स्थिताः भयस्पर्शेतं विन्द्येति आत्मस्तत्सुखं स ब्रह्मयोगसंयुक्तां सुखम् अस्माम् अश्नुते एस्पर्शजाभोगा दुःखयो नय एव ते आद्यन्तवन्त कौन्तेय न ते शूरमते बुधा सङ्ख्योय सोदं प्रसर्ये विमोक्तयेत् कामक्रोधो भवां विगां सयुक्त सुप्त नरः सन् योऽन्तःसुखो अन्तरमस्तान्तर्ज्योतिरेवः स योगी ब्रह्मनिर्वाणं ब्रह्मभूता अधिगच्छति लभ्येत् ब्रह्मनिर्वाणं ऋषीय कृष्ण अकल्मष चिन्द्वन्द्वा अतात्मना सर्वभूता इति रतः कामक्रोधविमुक्तानां येतीनां यत्स्थितासाम् अभितो ब्रह्मनिर्वाणं वर्तेत विदितात्मना स्पर्शान् कृत बाहिर्ब्रह्मभयासं चक्षुर्चैवेन्द्रिय ब्रूयो परन्यानुसम्म सायु कृत्वा नस्य बहि अन्तर चारुण्या एतैरिन्द्रियो मनोबुद्धिर्मुनिर्मुक्ष प्रप्ययः विगिताच्च भया क्रोध य सद्मुक्त एव स भोक्तारां यज्ञतपसा सर्वलोकामहेश्वरं सुरीदं सर्वभूतानां ज्ञात्वां शान्तिं रुच्यते ते थैंक यू माताजी
ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मा संन्यासयोगो नाम पञ्चमोऽध्यायः
अतः षष्ठोऽध्यायः ध्यानयोगो नाम श्रीभगवानुवाच अनाश्रितकर्मफलं कार्यं कर्म करोति यः स संन्यासी च योगी च निरग्निर्चाक्रियः यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव न हि असन्न्यस्तसङ्कल्पो योगी भवति कश्चिन आरुरोक्षर्मुने योगं कर्म कारणमुच्यते योगारूढस्य तस्यैव शमकारणमुच्यते यदा हि नेन्द्रियार्थेषु न कर्म स्वनुषज्जते सर्वसंकल्पसन्यासी योगारूढस्तदोच्यते उद्धरेतात्मनात्मानं नात्मानं अवसाधयेत् आत्मैव हि आत्मनो बन्धुरात्मैव रिपुरात्मनः बन्धुरात्मनात्मनस्तस्य येनात्मैवात्मनजित अनात्मानस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापनामनयो ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः युक्त इति उच्यते योगी समलोष्ट्राश्मकाञ्चनः सुहृन्मित्रार्युदासीन्मदासीन मध्यस्थ द्वेष्यबन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते समात्मानं रहसि स्थित
प्रतिष्ठाय
स्थिरमात्मनः नाति उच्छ्रितं नैति निचम् शैलाजिनकुशोत्तरमं कुशोत्तरं तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने युज्यात् योगमात्मविशुद्धये समं कायशिरोग्रीवं धारयन्नच्छलं स्थिरः सम्प्रेक्षनासिकाग्रं स्वं दिशश्चानवलोकयम् प्रशान्तात्मा विगतभिर्ब्रह्मचारी व्रते स्थित मनः संयम्य न मच्चित्तो युक्त आसीत् मत्परः युञ्जन्नेवं सदात्मानं योगी नियतमानसः शान्तिं निर्वाणपरमं मत्संस्थाम् अधिगच्छति नात्यस्तनस् तु योगोऽस्ति न चैकान्तम् अनस्तननाथः न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन युक्तहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चित्तम् आत्मानि एवावतितिष्ठते निष्प्रह सर्वकामेभ्यो युक्त इति उच्यते तदा यदा दीपो निवातस्तो नेङ्गते सोपमा स्मृत योगिनो यत्र चित्तस्य युञ्जतो योगमात्मनः यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्मतीन्द्रियं नेत्रि यत्र न चैवायं स्थितश्चलति तत्त्वतः यं लब्ध्वा चापरं लाभं मन्यतेनाधिकं ततः यस्मिन् स्थितो न दुःखेन गुरुनापि विचाल्यते तं विद्याहुदुःखसंयोगवियोगं योगसंहिताम् सनिश्चेन योगतव्यो योगो निर्विन्नचेतसा सङ्कल्पप्रभवान् कामां त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामं विनियम्य समन्ततः शनै शनैरुपरमेद्बुद्ध्या धृती गृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।
यतो यतो निश्चलति मनश्चञ्चलम् अस्थिरं ततस्ततो नियम्य एतात् आत्मानि एव वशं नयेत्। प्रशन्ता मनसं कियेनां योगिनां सुखम् उत्तमम् उपैति शान्तं रजसं ब्रह्मभूतम् अकल्मषम्। युञ्जन् एवं सदात्मानां योगिविगतकल्मषः सुखेन ब्रह्म संस्पर्शम् अत्यन्तं सुखम् अश्नुते। सर्वभूता सत्तम् आत्मानां सर्वभूतानि चात्मानि इक्षते योग युक्तात्मा सर्वत्र समदर्शनः। यो मां पश्यति सर्वत्र सर्वां च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति। सर्वभूतास्थितं यो मां भजति एकत्वम् अस्थितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते। आत्मानोपम येन सर्वत्र समं पश्यति योजना सुखं वा यादि वा दुःखं स योगी परमो मतः। अर्जुन उवाच योऽयं योगस्त्वप्रोक्तः सम्येन मधुसूदन एतस्यहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिरम्। चञ्चलं हि मनः कृष्ण प्रमाति बलवद्द्रुहं तस्याहं निग्रहं मन्ये वयोरिव दुष्करम्। श्रीभगवान् उवाच असंशयं महाभाहो मनदुर्निग्रह्यं चलम् अभ्यसेन तु कौन्तेय वैराग्येन च गृह्यते। असंयातात्मनाग्योगो दुष्प्रपा इति मे मतिः। वस्यात्मना तु यतता साख्यो वाप्तुम् उपायताः। अर्जुन उवाच यः अयातिः श्रद्धायापेता योगचलितमानसः अप्राप्य योगसंसिद्धिं तं गतिं कृष्ण गच्छति। कच्चिन्नोभया विभ्रस्तश्चिन्नाभ्रम् इव नश्यति। अप्रातिस्थो महाबाहो विमुधो ब्राह्मणपति। एतन्मे संशयं कृष्ण चेतुम् अर्हसि अशेषतः त्वान्यां संशयस्य चेतना हि उपपद्यते। श्रीभगवानुवाच पार्थ नैवेह नामृत विनाशास्तस्य विद्यते नाहि कल्याणकृत् कश्चित् दुर्गतिं तत गच्छति। प्राप्य पुण्यकृतं लोकान् उस्थित्वा शाश्वतिः समाः शुचीनां श्रीमतां गेहे योगभ्रष्टो विजायते। अथवा योगिनाम् एव कुले भवति धीमताम् इतादिरी दुर्लभातरं लोके ज्ञानं यद् ईदृशाम् तत्रं तं बुद्धिसंशयोगं लभते पौर्वधेकिनं यतते च ततो भूय संसिद्धौ कुरु नन्दन। पूर्वाभ्यासेन तेनैव ह्रियते हि अवसोऽपि सः जिज्ञासुरपि योग्यस्य सद्दा ब्रह्मणास्ति वर्तते। प्रयात्नात्मि यतात्मनस्तु योगी संशुद्ध किल्बिषेयि अनेकजन्म संसिद्ध सतो याति परां गतिं। तपस्विभ्यो दिखो योगी ज्ञानिभ्योऽपि मतो दिख कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन। योगिनामपि सर्वेषां मद्गतेनन्तरात्मना श्रद्धावान् भजते यो मां समे युक्तावतं मतः। ॐ तत्सत् श्रीभगवान् श्रीमद् ॐ तत्सत्
उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयो संयमयोगो नाम षष्ठोऽध्यायः। हरे कृष्णा
ज्योति माताजी
ललितांगी माताजी
ललितांगी माताजी यस माता
अतः सप्तमोऽध्यायः श्रीभगवानुवाच विज्ञानयोगः मया सक्तमना पार्था योगं युञ्जन्मदाश्रयः असंशयं समग्रं मां यथा न्यास्यसि तच्छृणु ज्ञानं तेहं सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यम् अवशिष्यते मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेति तत्त्वतः भूमिरापो नलो वायुः कं मनो बुद्धिरेव च अहंकार इति यं मे भिन्ना प्रकृतिरष्टदा अपरेयं नितत्वन्यां प्रकृतिं विद्धि मे परां जीवभूतां महाबाहो ययेदं दार्यते जगत् एतद्योनीनि भूतानि सर्वानित्युपदारय अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दके पौरुषं नृषु पुण्यो गन्धपृथिव्यां च तेजश्चास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु बीजं मां सर्वभूतानां विद्धि पार्थ सनातनं बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहं बलं बलवतां चाहं काम अराग विवर्जितं धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ये चैव सात्विका भावा राजसास्तामसाश्च ये मत्त ये वेति तान् विद्धि न त्वहं तेषु ते मयी त्रिभिर्गुणमयैर्भावैर्येभि सर्वमिदं जगत् मोहितं नाभिजानाति मामेभ्यः परमव्ययम् दैविह्येषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायाम्येतां तरन्ति ते न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः माययापहृतज्ञाना आसुरं भावमाश्रिताः चतुर्विधा भजन्ते मां जना सुकृतिनोऽर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थम् अहं स च मम प्रियः उदारः सर्व एवैते ज्ञानीत्वात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिं बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्ते अन्यदेवताः तं तं नियममास्ताय प्रकृत्या नियतस्वयां यो यो यां यां तनुं भक्तः श्रद्धयाचितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहं सतया श्रद्धया युक्तस्तस्याराधनमीहते लभते च ततः कामान् मयैव विहितान् हितान् अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसां देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम बुद्धयः परं भावमजानन्तो मामाव्ययम् अनुत्तमम् नाहं प्रकाश सर्वस्य योगमाया समावृतः मूढोऽयं नाभिजानाति लोको मामजमव्ययम् वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्यानि च भूतानि मां तु वेद न कश्चन इच्छा द्वेषसमुत्तेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्म तद्विदु कृत्स्नम् अध्यात्मं कर्म चाकिलं साधिभूतादिदैवं मां साधियज्ञं च ये विदुः प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विज्ञानयोगो नाम सप्तमोऽध्यायः।
अथ अष्टमोऽध्यायः तारकब्रह्मयोग। अर्जुन उवाच, किं तत् ब्रह्म, किम् आध्यात्मं, किं कर्म पुरुषोत्तम, आदिभूतं च किं प्रोक्तम्, आदिदैवं किम् उच्यते, आदियज्ञा कथा कथं कोत्र, देहेऽस्मिन् मधुसूदन, प्रयाणकाले च कथं ज्ञेयोऽस्मि नियतात्मभिः। श्रीभगवानुवाच, अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममाम् उच्यते, भूताभावोद्भवाकरो विसर्गकर्मसंहितः। आदिभूतं चरो भाव पुरुषश्चादिदैवताम् आदियज्ञोऽहम् एवत्र देहे देहावृताम्बरा। अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरं यः प्रयाति सम्मत्भावं याति नास्यात्र संशयः। यं यं वापि स्मरन्भावं त्यजच्छन्ते कलेवरं तं तमेव इति कौन्तेया सदा तद्भाव भावितः। तस्मात् सर्वेषु कालेषु माम् अनुस्मरयुच्य च मय्यर्पितमनोबुद्धिर्माम् एव इत्यस्ति असंशयः। अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्थानुचिन्तयान्। कविं पुराणामनुसाश्रितारम् अनोरणीयं सम् अनुस्मरेद्यः सर्वस्य दातारं न चिन्त्य रूपम् आदित्यवर्णं तमसः परस्तात्। प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भ्रुवोर्मध्ये प्राणम् आवस्य सम्यक् सन्तं सतं परं पुरुषम् उपैति दिव्यं यदक्षरं वेदविदो वदन्ति विसन्ति यस्य तयो वीतराग यतीच्छन्तु ब्रह्मचार्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये। सर्वद्वाराणि संयम्य मनोहृदि निरुच्य च मूढ्यानि आध्यात्मानः प्राणम् आस्तितो योगधारणाम्। ओमिति एकाक्षरं ब्रह्म व्याहारन् मामनुस्मरन् यः प्रयाति त्यजान्देहं स याति परमां गतिम्। मामुपेत्य अनन्याचेत हा सततं यो मां स्मरति नित्यतः तस्याहं सुलभः पाठा नित्यायुक्तस्य योगिनः। मामुपेत्य पुनर्जन्म कालयं न शाश्वतं नाप्नुवन्ति महात्मानः संसिद्धिं परमं गता। आ ब्रह्म भुवनालोक पुनरावर्तिनोऽर्जुन मामुपेत्य कौन्तेय पुनर्जन्म न विद्यते। सहस्रयुगपर्यन्तम् अहर्यस्ब्राह्मणो विदुः रात्रिं युगसहस्रान्तं देहो रात्राविदो जनाः। अव्यक्ताव्यक्त हि सर्वाः प्रभवन्ते अहर् आगमे रात्रे आगमे प्रलीयन्ते तत्रैवाव्यक्तसम्नके। भूताग्रामः स एवायं भूत्वा प्रलीयते रात्रे आगमे वसः पार्थ प्रभावस्य अहर् आगमे।
परस्तस्मात् भावोऽन्यो व्यक्तो व्यक्तसनातनः यस्य सर्वेषु भूतेषु नश्यतु न विनश्यति। अव्यक्तोऽक्षर इति युक्ता तम् आहु परमां गतिं यं प्राप्य न निवर्तन्ते तत्ताम परमं मम। पुरुषस्य परः पार्थ भक्त्या लभ्यस्व अनन्यया यसान्तस्तानि भूतानि येन सर्वं निरंसतम्। यत्र काले त्व अनावृतिम् आवृतिं चैव योगिन प्रयात्या यान्ति तं कालं वक्ष्यामि भरतर्षभ। अग्निज्योतिरह शुक्ल सनमासायुत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः। धूमो रात्रिस्तथा कृष्ण सनमासा दक्षिणायनं तत्र चान्द्रमासं ज्योतिर्योगी प्राप्य निवर्तते। शुक्लकृष्णागतिघेते जगतस्तास्वते मते एकाया याति अनावृतिम् अन्यया वर्तते पुनः। नैते स्त्रीपातजानान् योगि मुह्याति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवाचुन। वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं सदिष्टं यत्येति तत्सर्वमिदं विदित्वा योगी परस्थानमुपैति चाद्यम्।
ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे कृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः। हरे कृष्ण।
हरे कृष्ण माताजी।
अथ
श्रीमद्भगवद्गीता नवमो अध्यायः राजविद्या राजगुह्या योग। श्रीभगवानुवाच इदं तु ते गुह्यात्मनां प्रवक्ष्यामि अनाशुष्यवे ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसे सुभात्। राजविद्या राजगुह्यां पवित्रामिदमुत्तमम् प्रत्यक्षावगमं धर्मयं सुसुखां कर्तुमव्ययम्। अष्टादनः पुरुषः धर्मदर्शस्य परन्तप अप्राप्य मम निवर्तन्ते मृत्युसंसारवात्मनि। मायाततम् इदं सर्वं जगदव्यक्तमूर्तिना मस्थानि सर्वभूतानि न चाहं तेषवस्थितः न च मत्थानि भूतानि पश्य मे योगम् ऐश्वरम्। भूताभृन्न च भूतास्थो महात्मा भूतभावनः। यथाक्षस्थितो नित्यं वायुः सर्वात्र गोमहान् तथा सर्वाणि भूतानि मत्स्थानि उपपादरयः। सर्वभूतानि कौन्तेया प्रकृतिं यन्ति मामिकं कल्पकक्षे पुनस्तानि कल्पदौ विश्रमाम्यहम्। प्रकृतिं तम् अवास्तभ्य विश्रजामि पुनः पुनः भूताग्रणम् इमं शश्नम् अवसं प्रकृतिर्वशात्। न च मम तानि कर्माणि निबाधन्ति धनञ्जय उदासीनावद् अशिनम् अक्षन असक्तं तेषु कर्मसु। मध्याध्यक्षेण प्रकृति सुयते सचराचरं हेतुनेन कौन्तेया जगद्विपा विवर्तते। अव्जनान्ति मां मूढा मनुषिं तनुमाश्रितं परं भावमज्ञातो मामभूता महेश्वरम्। मोघशाभोघकर्माणो मोघज्ञानाभिचेतशः राक्षसीम् असुरीं चैव प्रकृतिं मोहिनं श्रुतः। महात्मानं तु मम पार्थ दैवीं प्रकृतिमाश्रितः भजन्ति अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम्। सततं कीर्तयन्तु मम यततञ्चस्तदृढावृतः नमस्यन्तश्च मम भक्त्या नित्ययुक्ता उपासते ज्ञानवचनेन च पियन्ने यजन्तो ममुपासते एकद्वेदा पृथक्त्वेन बहुधा विश्वतो मुखम् अहं कृतुरहम् यज्ञ स्वाधनम् अहम् अशुधम् मन्त्रोऽहम् अहम् एवज्यम् अहम् अग्निर् अहम् हतुम् पिताहम् अस्य जगतो मता धाता पितात्मः वेदेयं पवित्राम् ओंकार ऋक्सामायजुरेव च गतिर्भाता प्रभुसाक्षी निवासा शरणं श्रुत प्रभाव प्रलयस्थानं निधानं बीजमव्ययम् तपामि अहम् अहम् वर्षम् निग्रयामि उष्णानि च अमृतं चैव मृत्युश्च तत् अशच्चहमर्जुन त्रैविद्या मम सोमपः पूता पाप यज्ञानि इत्सस्व गतिं प्रार्थयन्तन्ते ते पुण्यम् अशध्य सुरेन्द्रलोकम् अशान्ति दिव्यान् दिवि देवभोगान् ते तं भुक्त्वा स्वर्गलोकं विशालं शिने पुण्ये मात्यलोकं विशन्ति एवं त्वयि धर्माम् अनुपरणन्न गतागतं कमकामा लभन्ते अनानयं चिनन्तो मम ये जनः पर्युपासते तेषां नित्याभियुक्तात्मनां योगाशिनं वहाम्यहम् येऽपि अन्या देवता भक्ता यजन्ते श्रद्धायान्वितः तेऽपि मम एव कौन्तेया यजन्ति अविधिपूर्वकम् अहं हि सर्वा यज्ञानां भोक्ता च प्रभुरेव च न तु मम अभिजानन्ति ततेन्मन्तस्य चयन्वति ते यन्ति देवावृता देवान् पितृन्यन्ति पितृवृता भूतानि यन्ति भूतेज्य यन्ति माद्यज्ञोऽपि मम पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तत् अहं भक्ति उपृहतम् अश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोसि ददासि यत् यत्तपस्यसि कौन्तेय यत्कुरुष्व मदर्पणम् शुभाशुभाफलैरेवं मोक्ष्यसि कर्मबन्धने सन्न्यासयोगयुक्तात्मा विमुक्तो मम पश्यसि समोऽहं सर्वभूतेषु न मे द्वेषोऽस्ति न प्रिया ये भजन्ति तु मम भक्त्या मैते तेषु च पियहम् अपि चेषु दुराचारो भजते मामनन्यभक् सधुरेव समनन्तव्य सम्यग्व्यवस्थितो हि स क्षिप्रं भवति धर्मात्मा सर्वच्छान्तिं निगच्छति कौन्तेया प्रतिज्ञानाहि न मे भक्ता प्रणश्यति मां हि पार्थाव्यपाश्रित्य येऽपि स्युपापयोनयः स्त्रियो वैश्यस्तथा शूद्रा ते पीयन्ति परं गतिं किं पुनर्ब्राह्मण पुण्य भक्तराजरस्य तथा आनित्यम् अशुखं लोकम् इमं प्राप्य भजस्व माम् मन्मना भव मद्भक्तो मद्याजी मम नमस्कुरु माम् अवेशसि युक्तैवम् आत्मना मत् प्रणायनः ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपानिषत्सु ब्रह्मविद्यानां योगशास्त्रे श्रीकृष्णा अर्जुना संवादे राजविद्या राज योगो नाम नवमो अध्यायः हरे कृष्ण
ममता माताजि
हरे कृष्ण माताजि हरे कृष्ण माताजि
ममता माताजि
यार आई थिंक माताजी शी इज नॉट देयर okay anybody from the conference want to do the 10th chapter
mataji I can do this is jyoti hari krishna
no you already done right
yes mataji
yeah so who has not
asra can read mataji
yeah
yeah asra can read One second, Mataji. I'm giving the book to her.
Hare Krishna Mataji, if there's nobody, I can take 10.
Yeah.
Is somebody going to read?
Shri Bhagavan Vacha, Puyeva Mahabhavo, Shilume Paramam Vacha, Yatateham Priyamanaya, Vakshami Hitakamaya. Name Vidu Surugana, Prabhavam Namaharshaya, Aham Adir. Devanam Maharshinam cha sarvasham Yomamajam anadim cha veti loka maheshwaram Asamudhasa varteshu sarva papadi pramuchyate Buddhi jnanam ashamoha kshama satyam dhamasama Sukham dukham bhava bhavo Bhayam cha bhyameva cha Ahimsa samashtatus Krishna sapo dhanam yasho yasha bhavanti bhava bhutanam mata eva prathag vidha maharshaya sapta purve chatvaro manavasatha mat bhava manasa jata yesho lokarma praha etam vibhutim yogam va mama yoveti tatvatah sove kalpena yogena yajyate natra samsayaha Aham sarvasya prabhavo mata sarvam pravartate ti matva bhajante mam bhuta bhava samanyata. Machita matkata prana bodhiyanta paraskaram katyantascha mam nityam tusyanti charamanticha. Tesham satata yuktanam bhajatam prati purvakam dadami buddhi yogantam yena mam upayantite. Tesham evanukampartam aham ajnana jamtamaha nasyamya subhavasto gnana deepena bhashvata. Arjuna uvacha param brahma param tama pavitram paramam bhavan purusham sasvatam divyam adidevam ajamikvibhu. Ahustvam rashaya sarve deva shirnaradasatha ashito deva lovyasha sitswayam jayva bravishume. Sarvametam ritam manye yenamam vadashikeshava nahite bhagavan vyaktim vidu devana danava. Svayamevatmanatmanam veta svam purushottama bhutabhavana bhutesha deva deva jagatpate. Bhaktum ahasya asheshena devyahe atma vibhutaya yabhir vibhuti bhir lokani mam svam vipaya tishtati. Pratham vidyam aham yogim svam sada parichintayam keshu keshu shabhaveshu chintyoshi bhagavan maya. Vishtrarenatmano yogam vibhutim chajanardhana bhuya katya trip. Bhuya kathaya tripti rahi srinvato nashti memratam. Shri Bhagavan Vacha Hanta Kekata Isyami Divya He Atma Vibhutaya Pradhyanta Pradhyanatya Kuru Shreshta Nashtyanta Vishtarashyame Aham Dhatma Gudakesha Sarva Bhutasya Sitaha Aham Adishya Madhyam Cha Bhutanam Anta Eva Cha Adityanam Aham Vishnur Jyoti Shamravir Amshuna Amshuman Maruchir Marutam Ashmi Nakshatranam Aham Shasihi Vedanam Samavedasmi Devanam Ashmi Vashvasaham Indrayanam Manashtasmi Bhutanam Ashmi Ketanaham Rudranam Saksharasashtasmi Veteshu Yaksharakshasam Vashuram Pavakashtasmi Meru Sikharinam Aham Purodashanam Chamukhayam Mam Vidhiparta Pratishpatim Senanim Aham Askandaha Sarsasham Ashmi Sagaraha Maharshinam Bragul Aham Giram Ashmekam Aksharam Yagnanam Jap Yagnosmi Savaranam Himalayaha Aswataha Sarva Vrikshanam Devarshinam Janaradaha Gandharvanam Chitrarath Ratha Siddhanam Kapilomuni Ushaishavasha Asvanam Vidimam Amrito Bhavam Arivatanam Gajindranam Naranam Chanaratipam Ayudhanam Aham Varjam Denunam Ashmikamaduk अनश्च स्मिकन्दर्प सर्पाणमस्मि वासुकि अनन्तश्चस्मि नागानं वरुणो यदशमहं पितॄणाम् अर्यं चस्मि यामसंयामतमहं प्रह्लादश्चस्मि दायज्ञं कालः कलयतमहं मृगाणं च मृगेन्द्रोऽहं वैन्द्रायश्च पक्षिणम् पावनापावतमस्मि रामः शस्त्रभृतमहं ज्ञानसमकरश्चस्मि श्रुतसमस्मि जाह्नवी सर्गणं मदिरन्तश्च मद्यं चैवरमर्जुना अध्यात्मा विद्यविद्यानं वादः प्रवर्तमहम् अक्षरम् अकरोऽस्मि द्वन्द्वासमस्कस्य च अहमेव क्षया कालो दहताहं विश्वतो मुखा मृत्युसर्वहरश्चाहम् उद्भावश्च भविष्यतम् कीर्तिश्रीर्वाक्च नारिणं सृष्टिर्मेधृतिक्षमा बृहत्सामा तथा समा सम्नं गायत्री चन्दशमहं महाशाणम् अर्गाशीर्षोऽहं रुज्ज्ञानं क्षूमकारः दुर्यतं चलयत्तस्मीं तेजस्तेजस्विनम् अहं जायोऽस्मि व्यवस्योऽस्मि सत्त्वं सत्त्वाततमहं वृष्णीनां वसुदेवोऽस्मि पाण्डवानां धनञ्जय मुनीनाम् अपि अहं व्यास काविनमूषणकावहि नन्दोदमत्यमम् अस्मि नित्यरश्मि जिगीषतं मनूनां चैवस्मि गोयनं ज्ञानं ज्ञानात्पतमहं यच्चपि सर्वभूतानां बीजं तदहम् अर्जुना न तदष्टविनयत्यस्य मायाभूतनं चराचरम् नन्तोष्टि माम देव्यानां विभूतानां परन्तप एष तु देशतः प्रक्तो विभूतिर्विष्टरो मया यद्यद्विभूतिमत्सा त्वं श्रीमदुर्जितमेव वा तत्तदेव गच त्वं माम तेजो मिषासम्भवाम् अथा वा भूनियेतेन किं नातेन तवर्जुना विष्ठा भयम् इदं कृष्टम्
அப்புறம்
ஹரே கிருஷ்ணா
இந்து மாதாஜி
अथैकादशोऽध्यायः विश्वरूपदर्शनयोगः अर्जुनोवाच मदनुग्रहाय परमं गुह्यमध्यात्मसञ्जितं यत्त्वयोक्तं वचस्तेनामोहोऽयं विगतो मम भवाप्ययौ हि भूतानां श्रुतौ विस्तरसो मया तत् त्वत्तकमलपत्राक्षमाहात्म्यमपि चाव्ययम् एवमेतद्यथा तत्त्वम् आत्मानं परमेश्वर द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तमा मन्यसे यदि तच्चख्यं मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् श्रीभगवानुवाच पश्य मे पार्थरूपाणि शतशोतसहस्रशा नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत इहैकस्तं जगत्कृत्स्नं पश्याद्याश्च चराचरं मम देहे गुडाकेश यच्छान्यद्रष्टुमिच्छसि न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा दिव्यं ददामि ते चक्षु पश्य मे योगमैश्वरम् सञ्जयो वाच एवं युक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपमैश्वरम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोद्यदायुतम् दिव्यमालाम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवं अनन्तं विश्वतोमुखं दिवि सूर्यसहस्रस्य भवेद्युगपदुद्धिता यति भासदृशी सा स्यात् भासस्तस्य महात्मनः तत्रैकस्तं जगत्कृत्स्नं प्रविभक्तमनेकदा अपस्य देवदेवस्य शरीरे पाण्डवस्तथा ततः सा विस्मयाविष्टो हृष्टरोमादनञ्जया प्रणम्य शिरसा देवं कृताञ्जलिरभासता अर्जुन उवाच पश्यामि देवांस्तव देवदेहे सर्वांस्तथा भूतविशेषसङ्घान् ब्रह्मानमीशं कमलासनस्थं ऋषीं च सर्वानुरगांश्च दिव्या अनेकबाहुदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपं नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूपा किरीटिनं गदिनं चक्रिनं च तेजोराशिं सर्वतो दीप्तिमन्तं पश्यामि त्वां दुर्निरीक्षं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानं त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे अनाधिमत्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रं पश्यामि त्वां दीप्तहुता सवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ध्वाय पृथिव्योरिदमन्तरं हि व्याप्तं त्वय त्वयेकेन दिशश्च सर्वा दृष्ट्वा भूतं रूप उग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् अमीः त्वां सुरसङ्गा विशन्ति केचिद्भीता प्राञ्जलयो गृह्णन्ति स्वस्तित्ययुक्त्वा महर्षिसिद्धसङ्गा स्तुवन्ति त्वां स्तुतिभिः पुष्कराभि रुद्रादित्यान्वसवो ये च साध्या विश्वेष्विनौ मरुतश्चोष्मपाशा पाशा गन्धर्वयक्षासुरसिद्धसङ्गा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहुरुपादं बहुदरं बहुदं श्राकरालं दृष्ट्वा लोकान् प्रव्यथितास्तथाहम् नभस्पृशं दीप्तमनेकवर्णं व्याताननं दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितात् तरात्मा धृतिं न विन्दामि समश्च विष्णो द्रंष्टाकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि दिशो न जाने न लभे च शर्मा प्रसीद देवेश जगन्निवास अमी च त्वां धृतराष्ट्रस्य पुत्रा सर्वे सहैवावनिपालसङ्गै भीष्मो द्रोणसूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै वक्त्राणि ते त्वरमना विशन्ति दंशाकरालानि भयानकानि केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै यथा नदीनां भव बहवोऽम्बुवेगा समुद्र एवाभिमुखा द्रवन्ति तथा तवामि नरलोकवीरा विशन्ति वक्त्राणि अभिविज्वलन्ति यथा प्रदीप्तं ज्वलनं पताङ्ग विशन्ति नाशाय समृद्धवेगा तथैव नाशाय विशन्ति लोकस्तवापि वक्त्राणि समृद्धवेगा लेलिह्यसे ग्रसमाना समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्वि तेजोभिरापूर्य जगत्समग्रं भासस्तवो ग्रा प्रतपन्ति विष्णो आख्याहि मेत्को भवानुग्ररूपो नमोऽस्तु ते देव वर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिम् श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्ता ऋतेऽपि त्वां न भविष्यन्ति सर्वे एव स्थिता प्रत्यनेकेषु योधा तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धं मयैव वैते निहता पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणंश्च भीष्मं च जयद्रथंश्च कर्णं तथानामपि योगवीरान् मया हतांस्त्वं जहिमाव्यस्तिष्ठ युध्यस्वजेतासिरने सपत्नान् सञ्जय उवाच एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानकिरीडि नमस्कृत्वा भूह्य एवाह कृष्णं सगद्गतं भीतभीत प्रणम्य अर्जुन उवाच स्थाने ऋषिकेश तव प्रकीर्त्य जगत् प्रहृष्यत्य अनुराज्यते च रक्ष्यामि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्गा कस्माच्चेन नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्याधिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरं सदसतत्परं यात् त्वमादिदेव पुरुष पुराणस्त्वमस्य विश्वस्य परं निधानं वेतासि वेदं च परं च धाम त्वया तथां विश्वमनन्तरूपम् वायुर्यमोऽग्निर्वरुणशशाङ्क प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेऽस्तु सहस्र कृत्वा पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वता एव सर्वा अनन्तवीर्यामितविक्रमास्त्वं सर्वं समाप्नोऽसि तथोऽसि सर्वा सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि यच्छावः सार्थमसत्कृतोऽसि विहारशय्याशनभोजनेषु एको तवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयं पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुन् गरीयान् न त्वत् समोऽस्त्यभ्य दिक्कुतोऽन्यलोकत्रयेभ्यः प्रतिमा प्रभाव तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वामहमीशमिदं पितेव पुत्रस्य सखेव साख्युन् प्रियप्रियायार्हसि देव सोधम् अदृष्टपूर्वं ऋषितोंसि दृष्ट्वा भयेन चाप्रव्यथितं मनो मे तदेव मे दर्शय देवरूप प्रसीद देवेश जगन्निवास किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो बहवः विश्व भव विश्वमूर्ते श्रीभगवान् उवाच मया प्रसन्नेन तव अर्जुनेदं रूपं परं दर्शितम् आत्मयोगात् तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वं न वेदयज्ञाध्यय अन्यैर्न दानैर्न च क्रिया न च क्रियाभिर्न तपोभिरुग्रै एवं रूपसाख्यमहं न लोके द्रष्टुं त्वदन्येन कुरु प्रवीरा मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमिदृण्ममेदं व्यपेतभिः प्रीतमनः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूया आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्ता सचेता प्रकृतिं गता श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम देवाप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणा नाहं वेदेन तपसा न दानेन न चेजया शक्य एवं विदो दृष्टुं दृष्टवानसि मां यथा भक्त्यत्वा अनन्यया शक्य अहमेव विदोर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परं तथा मत्कर्म कृन्मत्परमो मद्भक्ता सङ्गवर्जिता निर्वैरा सर्वभूतेषु यस मामेति पाण्डवा ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशाध्यायः
अथ द्वादशोऽध्यायः भक्तियोगः अर्जुन उवाच एवं सततयुक्ता ये भक्ता स्वां पर्युपासते ये चाप अक्षरम् अव्यक्तं तेषाङ्के योगवित्तमः श्रीभगवानुवाच मय्या वेश्यमनो इमा नित्ययुक्ता उपासते श्रद्धया परयोपेतास्ते मे युक्ततमामतः केत्वक्षरं निर्देश्यम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्त्यं च कुटस्थं चलं ध्रुवं सन्नीयं मेन्द्रियं ग्रामं सर्वत्र समबुद्धया ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखं देहवद्मारवाप्यते ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा अनन्येनैव योगेन मा ध्यायन्त उपासते तेषामहं समुद्धर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थ मय्यावेशितचेतसा मय्येव मन आधस्व मयि बुद्धि निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वन संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिश्चान्तु धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिन्धिमवाप्स्यसि अथेत द्यप्यशक्तोऽसि कर्तुं मद्योग्रमाश्रिता सर्वकर्मफलत्यागं तथा कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते ध्यानात् कर्मफलत्यागस्त्यागाश्चान्ति निरन्तरम् अद्वेष्टा सर्वभूतानां मैत्रा करुण एव च निर्ममो निरहङ्कारा समदुःखसुखक्षमी सन्तुष्ट सततं योगी यतात्मा दृढनिश्चया मय्यर्पितमनोबुद्धिर्मद्भक्त समे प्रिया यस्मिन्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैर्ह्यस च समे प्रिया अनपेक्ष शुचिर्दक्ष उदासीनो गतव्यथा सर्वारम्भपरित्यागी यो मद्भक्त समे प्रिया यो न पश्यन्ति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान्य समे प्रिया समशत्रो च मित्रे च तथा मानापमानयो शीतोष्ण सुखदुःखेषु समसङ्गविवर्जिता तुल्यनिन्दा स्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेता स्थिरमतिर्भक्तिमान्ये प्रियो नरः एतु धर्म्यामृत इदम् यथोक्तं पर्युपासते श्रद्धदानामत् परमा भक्तास्ते दिव मे प्रिया ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्ण जनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः हरे कृष्ण
माताजी धन्यवाद प्रणाम दैट इज अध्याय 13 राइट
यस माताजी
यस शिल प्रभुपाद की जय शिल गुरुदेव की जय अर्जुन उवाच प्रकृतिं पुरुषं च्वे क्षेत्रं क्षेत्रमेव च एतत् वेदितमिच्छामि ज्ञानं श्रेयः केशवः इदं शरीरं कौन्तेय क्षेत्रमित्यनिभिचयते एतद् यो वेदितं प्राहु क्षेत्र इति तद्वितः क्षेत्रक्षं चापि मविद्री सर्वक्षेत्रं क्षेत्रषु भारतः क्षेत्रज्ञानर्ज्ञानं यत्नगानं मन्तं मम तक्षेत्रं यच्च यादवक्य यदि कारी यदच्च यतः स च वावि यत्यप्रभावश्च तत सामसेन मे शृणु ऋषिभिर्वहुधाहितं छन्दोभिर्विधि पृथकः ब्रह्मा शूद्रपदेष्वे च हेतु मन्भर्दि निश्चिते महाभातनहन्याकारो बुद्धिरव्यक्त्वमेव च इन्द्रियाणि दशेकैचं पश्च चिन्द्र या गोचरः इच्छादेशं सुखं दुःखं सदास्तश्चेत्नाधृतिः एतद् क्षेत्रं समासेन सविकारमुदहर्यतम् अमानिन्वतं दद्वि त्वमहिषा ज्ञानी शातिर्नितार्जवर्जनम् आचार्योपाशं शौच थेरमान्मविनिग्रह इन्द्रियाणार्थेषु वैराग्य निहुकार एव च जन्म मृत्यु जरा व्याधि दुःखा दोषानुसुदशम्
ಅಸಕ್ತಿ ಅಸಕ್ತಿ ದನ ನಿಷ್ಠ ಮಿರ್ಬವಡ್ಡು ಪುತ್ರ ದಾರ ಗೃಹಾಣಿ ದಿಶು ನಿತ್ಯಂ ಚ ಸಮೀಶ್ಚ ತತ್ವ ನಿಷ್ಠಾನಿಷ್ಟೋಪತೀಶುಹ ಮಯಿ ಚಾನನ್ಯಂ ಯೋಗೇನ ಭಕ್ತಿರಭವ್ಯ ಚಾರಿಣಿ ವಿವಿಧ ದೇಶ ಸೇವಿತ್ವಂ ಮರತಿ ಜನಾರ್ದಂ ಸಂಸದೈ ಅಧ್ಯಾತ್ಮ ಜ್ಞಾನ ನಿತ್ಯತ್ವಂ ತತ್ವಜ್ಞಾನಾರ್ಥ ದರ್ಶನಂ ಏತಾ ಜ್ಞಾನ ನಮಿತಿ ಪ್ರೋಕ್ತ ಮಗ್ನಾನಂ ಯದಶೋನ್ಯಥಾ. ಸರ್ವತಃ ಪಾಣಿಪದಂ ತತ್ತ ಸರ್ವತೋ ಶಿಶಿ ಶಿರೋ ಮುಖಂ ಸರ್ವತಃ ಶ್ರುತಿ ಮಲ್ಲಯೋಕೆ ಸರ್ವಮಾರ್ವತ್ಯುತಿಷ್ಠತಿ ಸರ್ವೇನಿಂದ್ರಾನ್ಯ ಗುಣಾಭಾಷಂ ಸರ್ವೇನಿಂದ್ರಾವಿವೀರ್ಜಿತಂ ಅಸಕ್ತಂ ಸರ್ವಭುಜ್ಯೇತ್ವ ನಿರ್ವಾಣಂ ಗುಣಭೋಕ್ತ ಚ. ಬಹಿರ್ನತ್ವಂಚ ಭೂತ ನಾಮ ಚರಂ ಚರವೇವ ಚ ಬಹಿರ್ನತ್ವಂಚ ಭೂತ ನಾಮ ಚರಂ ಚರ್ವೇ ಚರ್ಮೇವ ಚ ಸೂಕ್ಷ್ಮತ್ವ ತದಿ ವಿಜ್ಞೇಯಂ ದುರಸ್ಥ ಚಾನಿತ್ಯಕೆ ತತಃ ಅವಿಭಕ್ತಂ ಚ ಭೂತೇಷು ವಿಭಕ್ತಿಮೇವ ಚ ಸ್ಥಿತಂ ಭೂತಭೃತಂ ಚ ತಜ್ಞೇಂ ಗ್ರಹಣೇಷು ಪ್ರಭವಿಷ್ಣೆ ಚ. ಜ್ಯೋತಿಷಾಮಾಪಿ ತಜ್ಯೋತಿ ತಜ್ಯೋತಿಸ್ತಮಶಃ ಪರಂಚ್ಯುತ್ಯ ಜ್ಞಾನಂ ಶ್ರೇತ್ ಜ್ಞಾನಂ ನೇಯ ಜ್ಞಾನಂ ಗಮ್ಯ ಯದಿ ಸರ್ವಶ್ಯ ವಿಶಿಷ್ಟತಂ ಇತಿ ಕ್ಷೇತ್ರಂ ತಥಾ ಜ್ಞಾನಂ ಜ್ಞಾನೇ ಚುಕ್ತಂ ಸಮಾಯತಃ ಮಧ್ಯ ಅತಿ ಏತ ವಿಜ್ಞಾಯ ಮಗ್ನಾವಾಯೋ ಪಪದೇತೆ. ಪ್ರಕೃತಿಂ ಪುರುಷಂ ಚೇವ ವಿದ್ಯಾದಿ ಉಭಾವತಿ ವಿಕಾರಾಚಂ ಗುಣಾಚ್ವೇಹ ವೃದ್ಧಿ ಪ್ರಕೃತಿ ಸಂಭವಯತಃ ಕಾರ್ಯಕಾರಣಕೃತೆತ್ವ ಹೇತು ಪ್ರಕೃತಿ ತರುಚ್ಯತೆ ಪುರುಷ ಸುಖದ್ ಖಾನಂ ಭುಕ್ತಂ ವೇ ಹೇತು ರಚ್ಯತೆ. ಮಾತಾಜಿ,
ಪುರುಷ ಪ್ರಕೃತಿಸ್ತೋ ಹಿ ಭೂತೆ ಪ್ರಕೃತಿಶ್ಚಾನ್ ಗುಣಾನ್ ಕಾರಣಂ ಗುಣ ಸಂಗೋಸ್ಯ ಸದ್ ಅಸದ್ಯೋನಿ ಜನ್ಮಸು ಉಪಾದ್ರಷ್ಟಾನುಮಂತ ಚ ಭರ್ತಾ ಭೋಕ್ತಾ ಮಹೇಶ್ವರಃ ಪರಮಾತ್ಮೇತಿ ಚಾಪ್ಯುಕ್ತೋ ದೇಹೇಸ್ಮಿನ್ ಪುರುಷ ಪರ. ಯ ಏವಂ ವೇತಿ ಪುರುಷಂ ಪ್ರಕೃತಿಂ ಚ ಗುಣೈ ಸಹ ಸರ್ವತಾ ವರ್ತಮಾನೋಪಿ ನ ಸ ಭೂಯೋ ವಿಜಾಯತೆ. ಧ್ಯಾಯೇನಾತ್ಮನಿ ಪಶ್ಯಂತಿ ಕೇಚಿತ್ ಆತ್ಮಾನಮಾತ್ಮನಾ ಅನ್ಯೇ ಸಾಂಖ್ಯೇನ ಯೋಗೇನ ಕರ್ಮಯೋಗೇನ ಚಾಪರೇ ಅನ್ವೇತ್ವಾ ಏವಂ ಅಜಾನಂತಃ ಶ್ರುತ್ವಾನ್ಯೇಭ್ಯ ಉಪಾಸತೆ ತೇಭ್ಯಪಿ ಚಾತಿತರಂತ್ಯೇವ ಮೃತ್ಯುಂ ಶ್ರುತಿ ಪರಾಯಣ. ಯಾವತ್ ಸಂಜಯತೆ ಕಿಂಚಿತ್ ಸತ್ವಂ ಸ್ಥಾವರ ಜಂಗಮಂ ಕ್ಷೇತ್ರ ಕ್ಷೇತ್ರಜ್ಞ ಸಂಯೋಗಾತ್ ತದ್ವಿದ್ಧಿ ಭರತಶವ ಸಮಂ ಸರ್ವೇಷು ಭೂತೇಷು ತಿತಿಷ್ಠಾನಾಂ ಪರಮೇಶ್ವರಂ ವಿನಾಶ್ಯ ಸ್ವಂ ಅವಿನಾಶ್ಯಂತಂ ಯ ಪಶ್ಯತಿ ಸ ಪಶ್ಯತಿ ಸಮಂ ಪಶ್ಯನ್ ಹಿ ಸರ್ವತ್ರ ಸಮವಸ್ಥಿತಮೀಶ್ವರಂ ನ ಹಿಂಸತಿ ಆತ್ಮನಾತ್ಮಾನಂ ತತೋ ಯಾತಿ ಪರಾಂ ಗತಿಂ. ಪ್ರಕೃತ್ಯೈವ ಚ ಕರ್ಮಾಣಿ ಕ್ರಿಯಮಾಣಾನಿ ಸರ್ವಶಃ पश्यति तदात्मानम् अकर्तां स पश्यति यदा भूतपृथग्भावम् एकस्तम् अनुपश्यति तद एव च विस्तारम् ब्रह्म सम्पद्यते तदा अनादित्वाम् निर्गुणत्वात् परमात्म्यामव्यय अव्यय शरीरस्तो अपि कौन्तेय न करोति न लिप्यते यथा सर्वगतं सौक्ष्म्यादलक्ष्यं नोपलिप्यते सर्वत्रावस्थितो देहे तदात्मानोपलिप्यते यथा प्रकाश्य यत्येककृत्स्नं लोकं मिमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत क्षेत्रक्षेत्रज्ञयोर्येवं मन्तरं ज्ञानचक्षुष भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॐ तत्सत् इति श्रीमद् ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यां योगशास्त्रे श्रीकृष्णार्जुनसंवादे प्रकृतिपुरुषविवेकयोगनाम्नो इति त्रयोदशाध्यायः हरे कृष्ण
अथ चतुर्थ अध्यायः गुणत्रयविभागयोग श्रीभगवानुवाच परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमं यज्ञत्वं मुनय सर्वे परं सिद्धिमितो गतः इदं ज्ञानमुपसृश्य मम स्वधर्मागतः स्वर्गेऽपि नोपजायन्ते प्रलयेनावधिनिच्छय मम योनिर्महद्ब्रह्म तस्मिन् गर्वं ददाम्यहं सम्भवं सर्वभूतानां ततो भवति भारत सर्वयोनिषु कौन्तेया मूर्तय सम्भवन्ति यः तासां ब्रह्म महद्योनिर्हं बीजप्रदं पिता सत्त्वं रजस्तमो इति गुणप्रकृति समुद्भवः निबद्धन्ति महाबाहो देहे देहनमोऽप्ययम् तत्र सत्त्वं निर्मलत्वं प्रकाशं प्रकाशं नमयं सुखसन्ने बध्नाति ज्ञानसंज्ञेन चानशा रजो रागात्मकं विद्धि कृष्णसन्नासमुद्भवं सन्निबध्नाति कौन्तेया कर्मसन्ने देहिनम् तमसत्वं ज्ञानजं विद्धि मोहनं सर्वे देहिनां प्रमादलस्य निद्राभिस्तिनिबध्नाति तन्निबध्नाति भारत सत्त्वं सुखे सञ्जयति रजः कर्माणि भारत ज्ञानमावृत्य तु तमहं प्रमादे सञ्जयत्युताम् रजस्तमश्च बीभूय सत्त्वं भवति भारत रजसत्त्वं तमश्चैव तमःसत्त्वं रजस्तदा सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञानं यदा तदा विद्यत् विवृद्धं सत्त्वमित्युत लोभः प्रवृत्तिरारम्भः कर्मणम् अस्मृहा रजस्ते त्यानि जायन्ते विवृत्ते भरतश्रवाम् अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च तमसेत्यानि जायन्ते विवृत्ते गुरुनन्दनाम् यदा सत्त्वै प्रवृद्धे तु प्रलयं याति देहभृत् तदोतं इदं लोकान् अमलान् प्रतिपद्यते रजसी प्रलयं गत्वा कर्मसङ्गेषु जायते तदा प्रलयन्ति सप्तमसि मूढयोनिषु जायते कर्मण सुकृतस्याहो सात्विकं निर्मलं फलं रजस्तस्तु फलं दुःख अज्ञानं तमसः फलम् सत्त्वसञ्जायते ज्ञानं रजसो लोभ एव च प्रमादो मोहतमसो भवतो ज्ञानमेव च ऊर्ध्वं गच्छन्ति सत्त्वस्ता मध्ये तिष्ठन्ति राजसा जग्नागुणवृत्तिस्थो अधो गच्छन्ति तामसः नान्यं गुणेभ्य कर्तारं यदा दृष्टानुपश्यति गुणेभ्यस्य परं वेत्ति मद्भावं सोऽधिगच्छति गुणानेतानि तीताति त्रीन् देहि देहसमुद्भवान् जन्म मृत्यु जरा दुःखः कैर्विमुक्तो अमृतमश्नुते अर्जुन उवाच कैर्लिङ्गे स्त्रीन् गुणानेतानि तीतो भवति प्रभो किमाचार कदं चैवं तस्त्रीन् गुणानाति वर्तते श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमे च पाण्डवा न द्वेष्टि संप्रवृत्तानि निवृत्तानि काङ्क्षति उदासीनावदासीनो गुणैर्योनाविचालत्ये गुणवर्तन्ते इत्येहं योगतिष्ठस्तिक्ते समदुःख सुख स्वस्थः समलोकाष्टं काञ्चनः तुल्यप्रिया प्रियो धीरा तुल्य निन्दात्मसंस्तुतिः मानापमानयोस्तुल्यस्तुल्य मित्रारिपक्षयोः सर्वारम्भ परित्यागी गुणातीत स उच्यते मां च योगि व्यभिचारेण भक्तियोगेन सेवते सगुणान् समतीतैतान् ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाः अमृतस्यात्मस्य च शाश्वतस्यास्य धर्मस्य सुखस्यैनाकस्य च
अध्याय पुरुषोत्तम योग श्री भगवान ऊर्ध्वामूल अध शाकम अश्वत्तम प्राहुरव्ययम चंदांसि यस्य पर्णानि यस्तम वेदस वेद अरस्योर्वम प्रशितस्य शाक गुण प्रवृद्धा विश्व प्रवालः अर मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमश्रेह ततो लभ्यते नान्तो न चाजेर्न च सम्प्रतिष्ठा अश्वत्थमे नं सुविरूढमूलम् अशङ्गशश्रे न द्विधेन चित्वा ततः परं तत्परिमार्गितव्यम् यस्मिन् गतानानि वर्तन्ति भूय तम् एव चाद्यं पुरुषं प्रपद्ये यथा प्रवृत्ति प्रसृता पुराणि निर्मानमोहाजितसङ्गरोष अध्यात्मनिद्या विनिवृत्तकाम त्वां देवि मुक्ता सुखदुःखसंये गच्छ ूरपरमावयं तत् न तद्भासयते सूर्यो न शशाङ्कु न पावक यद्गत्वा न निवर्तन्ते तद्धाम परमं ममैवांशो जीवलोके जीवभूतसनातन मनः षष्ठनिन्द्रियाणि प्रकृतिष्ठानि कर्षति शारीरं व्यादवाप्नोति यच्चापि उत्क्रामतीश्वरः निशम्यति युर्गन्धानि वासयत् श्रोत्रं चक्षुः स्पर्शनं च रसं घ्राणमेव च हरिष्ठाय मनश्चेयं विषायन्नु देवते उत्क्रमन्तं स्थितं वापि भूतानं गुणान्वितं विमूलहन अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषु यतन्तो योगिनः चैनं पश्यन्ति आत्मनि अवश्यम् यतन्तो अपि कृतत्मानो नैनं पश्यन्ति अचेतसः
यद् आदित्यागतं तेज जगत् पश्यते अखिलं यच्चन्द्रश्मि यच्चक्षुणेन तत्तेजो विधिमामकम् गम् अविश्य च भूतानि तरायात्मः अजोषः पुष्यामि चक्षुद्य सर्वः समो भूत्वा रसात्मः अहं विश्वेश्वरो भूत्वा प्रणीनं देह अश्रिता प्राणापना संयुक्त पश्यामि अनं चतुर्विधं सर्वस्य सहस्रं हृदसंविशिष्टो मत स्मृति ज्ञानम् अपोहानं च वेदस्य सा सर्वे अहम् एव वेद्यो वेदान्तकृतिवेदविद्य एव सोऽहम् द्वाह्यं पुरुषं लोके क्षरश्चक्षर एव च अक्षरा सर्वाणि भूतानि कुतो स्थितोऽक्षर उच्यते उत्तमं पुरुषोऽस्तु अन्यहे परमा मने उदारता यो लोकत्रयम् अविश्य विवर्त अव्यय ईश्वर यस्मक्षरम् अतीतोऽहम् अक्षराद् अपि कौतमः अतोऽस्मि लोके वेदे च प्रतिपया पुरुषोत्तमम् यो मम् एवम् असम्बुद्ध्य जानाति पुरुषोत्तमम् स सर्वा विद्य भजगति मम सर्वा भवेन भारत इति गृह्योत्तमं सस्रम् इद युक्तं माया नः इति बात्वा बुद्धिमं सयत् कृतकृत च भारत
ब्रह्मविद्याया योगशास्त्रे श्रीकृष्ण
हरे कृष्णमति अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयं सत्त्वसन्तुष्टिर्ज्ञानयोगव्यवस्थति धानं दमश्च यज्ञश्च स्वात्यायस्तार्जवम् अहिंसा सत्यमोक्रोध त्यागस्याशान्तिरैपैशून्यं दयाभूतेष्वलोलुप्तं माधवं ह्रीरचापलम् तेजं क्षमादृति शौचम् आद्रोहो नातिमानिता भवन्ति सम्पदं दैवी मभिजातस्य भारत दमो दर्पोऽभिमानश्च क्रोधपारुष्यमेव च अज्ञानं चाभिजातस्य पार्थसम्पाद आसुरीं दैवी सम्पद्विमोक्षाय निबन्धायासुरीमता मा शुचौ संहदं देवी आभिजातो श्रीपाण्डव द्रौ भूता स्वर्गलोकेऽस्मिन् दैव आसुर एव च दैवो विस्तरश प्रोक्ता आसुरं पार्थमे शृणु प्रवृत्तिं च निवृत्तिं च जान न जानान् विदुरासुरः न शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यामप्रतिष्ठन्ते जगदाहृणीश्वरम् अपरस्परसम्भूतं किमन्त्ये कामहेतुकम् एतं दृष्टिमवभ्यष्टभ्या नष्टो नात्मोऽल्पबुद्धया प्रभवन्त्युग्रकर्माण क्षयाय जगतो हिताः काममाश्रित्य दुष्फूरं दम्भामानमदान्विताः मोहद्गृहीत्य सद्रुहान् प्रवर्तन्ते शृञ्चिव्रता
चिन्तामपरियेयायं परिमेयां च प्रलयन्तामुपाश्रिता कामोपभोगपरमा परमा एतावदिति निश्चिता अशापाशशतैर्बद्धा कामक्रोधपरायणा इहन्ते कामभोगार्धम् अन्याये अर्धसंचयान् इदमज्जमया लब्धम् इमं प्राप्स्ये मनोरथम् इदमस्ति इदमपि मे भविष्यति पुनर्धनम् असौ मया हतः शत्रोर्अनिष्ये चापराणपि ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी आर्यो बीजनवानस्मि योन्योऽस्ति सदृशो मया यक्ष्ये दास्यामि मोदिष्या इत्यज्ञानाविमोहिता अनेकचित्तविभ्रान्ता मोहजालसमावृता प्रसक्ता कामभोगेषु पतन्ति नरकेषु च आत्मसम्भाविता स्तब्धा धनमानमदान्विता यजन्ते नाम यज्ञेस्ते दम्भेनाविधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधं च संस्थिता मामात्मा परदेहेषु प्रद्विषन्तो व्यसूयका तानहं दिशता क्रूरान् संसारेषु नराधमान् क्षिपां याजश्च मशुभान् असुरिष्वेव योनिषु असूरीं योनि मापन्ना मूढा जन्मनि मामप्राप्यैव कौन्तेया तदोयन्त्य दमां गतिं त्रिविधं नरकसेद्यं स्येदं द्वारं नाशनमात्मनः कामक्रोधस्थलोभम् अस्मादे तत्रुयं त्यजेत् एतैर्विमुक्तकौन्तेया तमोद्वार्निसिभिर्नरा आचरत्या मनः श्रेयात् याति परां गतिम् ततो यति परां गतिम् या शास्त्रविदितामुत्सृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न परां गतिम् तस्मात् शास्त्रं प्रमानन्ते कार्याकार्यव्यवस्थितौ नात्वा शास्त्रविदो न विद्वानोक्तं कर्म कर्तु विहर्हसि ॐ
तत्सत्
श्रीमद्भागवते भागवतगीतेषु उपानिषत्सु ब्रह्मविद्यं योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरस्वभावयोग नाम षोडशाध्यायः
हरे कृष्ण अथ सप्तदशोऽध्यायः श्रद्धात्रयविभागयोगा अर्जुन उवाच ये शास्त्रविधि उत्सृज्य यजन्ते श्रद्धान्वितः तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः भगवान् उवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्विकी राजसी चैव तामसी चेति तां शृणु सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धा मेयों पुरुषो यो यच्छ्रद्धा स एव सः यजन्ते सात्विका देवा अक्षराक्षांसि राजसः प्रेतान् भूतगणाशन्ये जयन्ते तामसा जनः अशास्त्रविहितं घोरं तपेयन्ते ये तपोजनः दम्भाहङ्कारसंयुक्तः कामारागबलाविलितः अश्यन्तः शरीरस्थं भूतग्रामं चेतसः मां चैवान्तः शरीरस्थं तान् विधाय सुरनिश्चयान् आहारस्तत्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानं तेषां भेदम् इमं शृणु आयः स्वबलारोग्य सुखा प्रीतिविवर्धनः रस्यः स्निग्धः स्थिरा हृदा आहारः सात्विका प्रियः लम्बावणा तुष्णा तीक्ष्णा रूक्षविदाहिनः आहारा राजश्रेष्ठा दुःखा शोका माप्रदः प्रातायामं गतरसं पूती पर्युषितं च यत् उच्छिष्टामपि चामेध्यं भोजनं तामसः प्रियम् कल्पाङ्काक्षिर्भिर्योगो विधिद्रष्टो य इज्यते यष्टवमेवति मनः समाधाय स सात्विकः विसन्ध्याय तु फलं दम्भार्थमपि चैव यत् इज्यते भरत श्रेष्ठा तं यज्ञं विधिराजसम् विधिहीनमसृष्टानं मन्त्रहीणमदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते देवाद्विजगुरुप्राज्ञा पूजनं शौचमर्जवं ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते नेवकरं वाक्यं सत्यं प्रियहितं च यत् स्वाधायाभ्यसानं चैव वाङ्गमयं तप उच्यते प्रसादः सौमत्वं मौनम् आत्मविनिग्रह भावा संशुद्धिरित्येत तपो मानसमुच्यते श्रद्धया परया तप्तं तपस्ता त्रिविधं नरः अश्लाङ्क्षिर्भियुक्तेः सात्विकं परिचक्षते नव्याराधमार्थं तपो दम्भेन चैव यत् क्रियेते तदिहि प्रोक्तं राजसं चलम् अध्रुवम् मूढग्राहीणात्मानो यत् पीडया कीर्यते तपः परयोसोत् साधनार्थं वा तत्ताम् असमुदाहृतम् दातव्यमिति यद्धानं दीयेते अनुपकारिणे देशे काले च पात्रे च तद्धानं सात्विकं स्मृतं त्यौ प्रति उपकारार्थं फलम् उद्दिश्य वा पुनः दीयेते च परिक्लिष्टं तद्दानं राजसं स्मृतम् अदेशकाले यद्धानम् अपात्रेभ्यश्च दीयते असत्कृतम् अवज्ञातं तत्तात्मा स्मुदाहृतम् ॐ तसदिति निर्देशो ब्रह्मणि स्त्री विद्या स्मृतः ब्राह्मणास्तेना वेदाश्च यज्ञाश्च विहितः पुरा कृत्मादयो मित्युदाहृत्य यज्ञदानतपः क्रियः प्रवर्तन्ते विधानोक्तः सततं ब्रह्मवादिनाम् इत्याभिसन्ध्याया फलं यज्ञतपः क्रियः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः तभावे साधुभावे च सदित्या तत्परा जायते प्रशस्ते कर्मणि तथा सच्छब्दः पार्थयुज्यते यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते कर्म चैव तदर्थीयं सदत्या विधीयते अश्राद्ध्या कृतं दत्तं तपस्तप्तं कृतं च यत् असिद्धित्या उच्यते पार्थ न च तत्रेत्य नो इह
सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः सम्पूर्णं श्रीकृष्णसमर्पणमस्तु
राधिका कस्तूरी मातरे if she is not there, Sarojanandani Mataji can, if she is also just joining. Okay, anyone can do the first.
Yeah, we have to divide in 20. So, please.
Radhika Kasturi Mataji.
If they have not taken turn of reading, they can take turn now. Radhika Kasturi.
Of the first verses only.
Yeah, 20 verses.
30. Okay. Anyone for the first 30 verses of the...
Hare Krishna Mataji, this is Mamta.
Can I go, Mataji?
Yes, please go. First 30 verses, please.
Okay, thank you, Mataji. Ashta dashya dhyayaha moksha yoga Arjuna uvacha sanyasa mahabaho tatvam ichhami veditam त्यागस्य च ऋषिकेशा पृथक् केशीनुसूदना श्रीभगवानुवाच काम्यानां कर्मणं न्याशं संन्यासं कवयो विदु सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा त्याज्यं दोषवदिति एके कर्म प्राहुर्मनीषिणा यज्ञा दान तप कर्म नात्याज्यम् इति चापरे निश्चयं शृणु मे तत्र त्यागे भरते सत्तमा त्यागो हि पुरुष व्याघ्र त्रिविधा सम्प्रकाकृतिः यज्ञा दान तप कर्म नात्याज्यम् कर्म्यम् एव तत् यज्ञो दानं तपश्चैव पावनानि मनीषिणम् एतानि अपिति कर्माणि संगं त्यक्त्वा फलानि च कर्तव्यानिति मे पार्थ निश्चितं मतमुत्तमम् नियतस्य तु संन्यासा कर्मणो नोपपद्यते मोहतस्य परित्यागस्तामसः प्रकृतितः दुःखम् इत्येव यत्कर्म कायाक्लेश भयात् त्यजेत् स कृत्वा राजसं त्यागं नैव त्यागा फलं लभेत् कार्यम् इति एव यत्कर्म नियत क्रियतेऽर्जुन सङ्गं त्यक्त्वा फलं चैव सा त्यागा सात्विको मतः नादेष्टि अकुशलं कर्म कुशले नानुसज्जते त्यागी सत्त्वा समाविष्टो मेधावी छिन्न संशया नाहि देहावृता साख्यं त्वक्तुं कर्माणि अशेषता यस्तु कर्मा फल त्यागी सा त्यागीति अभिधीयाते अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणा फलं भवति आत्वागीनं प्रेत्या न तु संन्यासिनं क्वचित् पञ्चैतानि महाबाहो कारणानि निबोद्ध मे साङ्ख्ये कृत्नान्ते प्रोक्तानि सिद्धये सर्वकर्मणं कर्मणाम् अधिष्ठानां तथा कर्ता करणं च पृथग्विधं विविधश्च प्रकथा चेष्टा दैवं चैवात्र पाञ्चनम् शरीरावन्मनोभिर्यत् कर्मा पारभते नरा न्यायं वा विपरीतं वा पाञ्चयते तस्य हेतवा तत्रैवं सति कर्तारम् आत्मानां केवलं तु यः पश्याति अकृता बुद्धित्वान् नाशा पाश्यते दुर्मतिः यस्यानाहङ्कृतो भावो बुद्धिर्यशो न लिप्यते हत्वापि सा इमल्लोकान् नाहन्ति न निभ्यते ज्ञानं नेयं परिज्ञाता त्रिविध्या कर्म चोदना काराणां वर्म कर्तेति त्रिविधा कर्म संग्रह ज्ञानं कर्म च कर्ता च त्रिधैवा गुणभेदता प्रोच्यते गुणसंख्याने यथा वक्ष्णु तान्यपि सर्वभूतेषु येनैकां भावम् अव्ययम् इक्षते अविभक्तां विभक्तेषु तज्ज्ञानं विधिसात्विकम् पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् वेति सर्वेषु भूतेषु तज्ज्ञानं विधिराजसम् यत्तु कृष्णाद्वद् एकस्मिन् कार्ये सक्तम् अहेतुकम् अत्तात्पर्दाद्वदत् अल्पं च तद्दास्तामसम् उदाहरतम् नियतं सङ्गरहितम् अरागदेशताकृतम् अफलप्रेप्सुना कर्म यत्तत् सात्विकमुच्यते यत्तु कामेप्सुना कर्म साहङ्कार न वाप्नुना क्रियते बहुलायाशां तद् राजसम् उदाहरतम् अनुबन्धं क्षयं हिंसाम् अनपेक्षया च पुरुषं मोहाद् आरभ्यते कर्म यत्तत् तामसमुच्यते मुक्तसङ्गा नहांवादी धृति उत्साह समन्विता सिद्धि असिद्धि निर्विकार कर्त्वा सात्विका उच्यते रागी कर्म फला प्रेप्सुर् लुप्तो हिंसात्मको शुचि हर्ष शोकान्विता कर्ता राजसा परिविकृतः अयुक्ता प्रकृता स्तब्धा साथो नैष्क्रिकोलोसा विषादी दीर्घसूत्री च कर्ता तामस उच्यते बुद्धिर्भेदं धृतश्चैव गुणतस्त्रिविधं शृणु प्रोच्यमानम् अशेषणा पृथक्त्वेन धनञ्जया प्रवृत्तिं च निवृत्तिं च कार्यकार्ये भयाभये बन्धं मोक्षं च या वेति बुद्धि सपार्थसात्विकी थैंक यू माताजी हरे कृष्ण
सरोजनन्दिनी माताजी
हरे कृष्ण यया धर्मम् अधर्मम् च कार्यम् चाकार्यमेव च अयतावत् प्रजानाति बुद्धिः सा पार्थराजसी अधर्मम् धर्ममिति या मन्यते तमसावृता सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थतामसी धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः योगेन व्यभिचारिण्या धृतिः सा पार्थसात्विकी यया तु धर्मकर्मार्थान् धृत्या धारयते अर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थिराजसी यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थतामसी सुखं त्विदानीं त्रिविधं शृणु मे भरत शभा अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमं तत्सुखं सात्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् विषयेन्द्रियसंयोगात् यत्तदग्रे मृतोपमं परिणामे विषमिव तत्सुखं राजसं स्मृतम् यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्य प्रमादोत्तं तत्तामसमुदाहृतम् न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदेधि स्यात् त्रिभिर्गुणैः ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः शमोदमस्तपशौचं क्षान्तिराजवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनं दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् कृषि गोरक्ष्य वाणिज्यं वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् स्वे स्वे कर्माण्यभिरतः संसिद्धिं लभते नरः स्वकर्म निरतः सिद्धिं यथा विन्दति तच्छृणु यत प्रवृत्तिर्भूतानां येन सर्वमिदं ततं स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वनाप्नोति किल्बिषम् सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः असक्तबुद्धिः सर्वत्र जितात्मा विगतः स्पृहः नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दादीन् विषयां त्यक्त्वा रागद्वेषव्युदस्य च विविक्तसेवी लघ्वाशी यत वाक्काय मानसः ज्ञानयोगः परो नित्यं वैराग्यं समुपाश्रितः अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ब्रह्मभूतप्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वकर्माण्यपि सदा पूर्वाणो मद्यपाश्रयः मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्त सततं भव मच्चित्ता सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि अत चेत्त्वम् अहङ्कारान् न श्रोष्यसि विनक्ष्यसि यदहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे नित्यैष व्यवसायस्ते प्रकृतिस्त्वाम् नियोक्ष्यति स्वभावजेन कौन्तेय निबद्धस्वेन कर्मणा कर्तुम् नेच्छसि यन्मोहात् करिष्यस्यावशोऽपि तत् ईश्वरः सर्वभूतानाम् हृदेशेऽर्जुन तिष्ठति ब्राह्मयन् सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणम् गच्छ सर्वभावेन भारत तत्प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातम् गुह्यतरम् मया विमृश्यैतद्दशेषेन यतेच्छासि तथा कुरु सर्वगुह्यतमम् भूयः शृणु मे परमम् वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् मन्मना भव मद्भक्तो मद्याजी माम् नमस्कुरु मामेवैष्यसि सत्यम् ते प्रतिजाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकम् शरणम् व्रज अहम् त्वाम् सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इदम् ते नातपस्काय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यम् न च माम् योऽभ्यसूयति य इदम् परमम् गुह्यम् मद्भक्तेष्वभिधास्यति भक्तिम् मयि पराम् कृत्वा मामेवैष्यत्य संशयः न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यप्रियतरो भुवि अद्येष्यते च य इमम् धर्म्यम् संवादमावयोः ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मे मतिः श्रद्धावाननसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् कच्चिदेतच्छ्रुतम् पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसम्मोहः प्राणष्टस्ते धनञ्जय अर्जुन उवाच नष्टो मोहस्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युता स्थितोऽस्मि गतसन्देहः करिष्ये वचनम् तव सञ्जय उवाच इत्यहम् वासुदेवस्य पार्थस्य च महात्मनः संवादमिममश्रौषम् अद्भुतम् रोमहर्षणम् व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यमहम् परम् योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् राजन् संस्मृत्य संवादम् इममद्भुतम् केशवार्जुनयो पुण्यम् हृष्यामि च मुहुर्मुहुः तच्च संस्मृत्य रूपम् अत्यद्भुतम् हरेः विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोग नाम अष्टादशोऽध्यायः
गीतामाहात्म्य अभिनन्दा माताजी
गीताशास्त्रमिदं पुण्यं य पठेत् प्रयत पुमान् विष्णुपदम् अवाप्नोति भयाशोकादिवर्जिता. ट्रान्स्लेशन्: one who with regulated mind recites with devotion this Bhagavad Gita scripture, which is the bestower of all virtue, will attain to a holy abode such as Vaikuntha, the residence of Lord Vishnu, which is always free from the mundane qualities based on fear and lamentation. Gita dhyayana shilasya pranayama parashacha naiva shanti hi papani purva janma kritani cha. If one reads Bhagavad Gita very sincerely and with all seriousness, then by the grace of the Lord, the recitation of his past misdeeds will not act upon him. Maline mochanam pumsam jala snanam dine dine sakrit gitamrita snanam samsara mala nashanam. One may cleanse himself daily by taking a bath in water, but if one takes a bath even once in the sacred Ganges water of Bhagavad Gita, for him the dirt of material life is altogether vanquished. Gita su gita kartavya kim anya shastra vistaraya yasa yasvayam padmanavasya mukha padmad vinishrita. Because Bhagavad Gita is spoken by the Supreme Personality of Godhead, one need not read any other Vedic literature. One need only attentively and regularly hear and read Bhagavad Gita. In the present age, people are so absorbed in mundane activities that it is not possible for them to read all the Vedic literature. But this is not necessary. This one book, Bhagavad Gita, will suffice because it is the essence of all the Vedic literatures, and especially because it is spoken by the Supreme Personality of Godhead. Bharatamrita swaram sarva swayam Vishnu bhaktrad vinishritam Gita gangodakam pitva punarjanmana vidyate. By drinking the Ganges water of the Gita, the divine quintessence of the Mahabharata emanating from the holy lotus mouth of Lord Vishnu, one will never take rebirth in the material world again. In other words, by devotionally reciting the Gita, the cycle of birth and death is terminated. Sarpa Upanishado Gavo Dogdha Gopala Nandana Partho Vatsa Sudhir Bhokta Dugdham Gita Amritam Mahat. All the Upanishads are like a cow, and the milker of the cow is Lord Shri Krishna, the son of Nanda. Arjuna is the calf, and the beautiful nectar of Gita is the milk, and the fortunate devotees of fine theistic intellects are the drinkers and enjoyers of that milk. Ekam Shastram Devaki Putra Gitam Eka Devo Devaki Putra Eva Eko Mantras Tasya Namani Yani Karma Pi Ekam Tasya Devasya Seva. There need be only one holy scripture, the Divine Gita, sung by Lord Shri Krishna, only one worshipable Lord Shri Krishna, only one mantra, his holy names, and only one duty devotional service unto that supreme worshipable Lord Shri Krishna. Thank you, Mataji.
Srimad Bhagavad Gita ki jai. Shama Gauri Mataji.
Thank you everyone for participating in the Bhagavad Gita recitation. So thank you very much. We'll end the call now.